सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः, चित्ते वाचि क्रियायां च साधूनां एकरूपता. इत्युक्ते अत्र उत्तमजनानां मनसि यादृशं चिन्तनमस्ति तदेव ते वदन्ति, यत् तैः उक्तं तदेव ते आचरन्ति. ते एव साधुजनाः अथवा निर्मलचित्ताः. इत्युक्ते तेषां जीवने एकरूपता दृश्यते. एकरूपता इत्युक्ते यूनिफार्मिटि, यूनिफार्मिटि दृश्यते. अत्र तेन अस्माकं को लाभः? एकरूपता अस्ति चेत् अस्माकं लाभः कः? एतादृशरीत्या वयमपि व्यवहारं कुर्मः चेत् तेन किं भवति इति किञ्चित् चिन्तनं कुर्मः चेत् तेन मनसि तत्र मनसः शुद्धतां प्राप्नुमः. मनसि शुद्धता अस्ति चेत् एकाग्रमनस्काः भवामः. अपि च मनसि एकाग्रता अस्ति चेत् सर्वाणि कार्याणि विना कष्टेन वयं सम्यक् रीत्या कर्तुं शक्ष्यामः. अतः ईदृशव्यवहारः अस्माकं जीवने अपि आवश्यकः इति अहं चिन्तयामि. एतादृशानि सुभाषितानि बहूनि सन्ति भाषायां. तेषाम् अवगमनार्थं वयं सर्वे मिलित्वा अत्र किञ्चित् प्रयत्नं कुर्मः. उत्तमम्. अनन्तरं गते सप्ताहे वयं गत आगामि यावत् तावत् अपि च यथा तथा इति आहत्य षट् नूतनानि पदानि अस्माभिः ज्ञातानि. प्रथमतया वयं किञ्चित् गृहपाठविषये चिन्तनं कृत्वा तदनन्तरम् अभ्यासपुस्तके इतोपि किमस्ति इति पश्येम. अधुना अत्र भवन्तः लिखितवन्तः चेत् वाक्यानि श्रावयन्तु, किञ्चित् चिन्तनं कुर्मः. अधुना शोभा भगिनी वदति वा?
आं भगिनि. यदा तदा, यदा वयं क्षम्यता भगिनि, यदा तदा नास्ति, अत्र गतपदस्य उपयोगं कृत्वा रचितवती. यदा वयं हम्पीनगरं पश्यामः तदा तस्य गतवैभवं मनसि दृश्यते. आगामिवर्षे अहं भारतदेशं गमिष्यामि. यथा राजः तथा प्रजाः इति सूक्तं तु सत्यं, किन्तु अद्यतनकाले यथा प्रजाः तथा राजा इत्येव सूक्तम् अपि भवति निर्वाचनेन. वाक्यरचनं सम्यक् अस्ति वा भगिनि?
अत्र अहम् एकं वदामि. अत्र किमर्थं चेत् भवन्तः जानन्ति एव, किन्तु किञ्चित् वदामि. अत्र राजा इति पदमस्ति, राजा इति नकारान्तपदमस्ति, तत्र विसर्गः नास्ति. केवलं पदं राजा, राजा राजानौ राजानः भवति. परन्तु महाराजः इति वदामश्चेत् महाराजः इति पदं यथा रामशब्दवत् अकारान्तपदं महाराजः, महाराजानौ राजानः तथा अकारान्तपदं भवति. किमर्थं चेत् तत्र समस्तपदमस्ति. तत्र महान् राजा इति विग्रहवाक्यं सम्भवति. तत्र कर्मधारयसमासः इति वदामः. इत्युक्ते तत्र व्यस्तप्रयोगं कुर्मः चेत् विग्रहवाक्यं वक्तव्यम्. इत्युक्ते महान् राजा इति भवति, महाराजः इति एकं पदं समस्तपदं, किन्तु परन्तु साधारणपदमस्ति राजा. राजा तत्र विसर्गः नास्ति. अनन्तरम् अत्र इतोपि कानि कानि पदानि सन्ति, पुनः एकवारं श्रावयतु वाक्यम्.
यथा राजा तथा प्रजाः अथवा प्रजा अपि प्रजा एव अस्ति वा? प्रजा
अत्र प्रजाशब्दः अपि आकारान्तपदम् अस्ति भगिनि, स्त्रीलिङ्गपदं. किन्तु तत्र आकार यथा लता शब्दवत् तत्र प्रजाः इति पदमपि अस्ति, यथा वयं लताः. किन्तु तत्र प्रजा इत्युक्ते वयं पूर्वमपि चर्चितवन्तः, यथा जनः इति वदामश्चेत्
जनाः
जनाः पदमपि अस्ति. इत्युक्ते साधारणतया वयं किं चिन्तयामः, जनः इत्युक्ते बहवः जनाः इति वयं चिन्तयामः, तथा नास्ति. जनः इति पदम् एकवचनरूपम् अपि अस्ति, यथा सर्वशब्दः. तथा एव अत्र प्रजाशब्दः अपि बहुवचने अस्ति, प्रजाः.
किन्तु एतत् वाक्ये सम्यक् नास्ति, किमर्थं चेत् राजा राजापदा अस्ति चेत् प्रजा एव भवति वा?
तथा नास्ति, अस्माकं विवक्षा एव. परन्तु किन्तु तत्र एतस्मिन् वाक्ये इति वक्तव्यं, किमर्थं चेत् तत्र तत्र एतत् वाक्यं एतत् वाक्यम् इति समीचीनं नास्ति. किमर्थं चेत् तत्र
प्रथमविभक्तौ भवति. एतस्मिन् वाक्ये यथा राजा तथा प्रजा इति सूक्तं तु सत्यं, किन्तु अद्यतनकाले यथा प्रजा तथा राजा अपि सत्यं. किमर्थं चेत् निर्वाचनेन कोऽपि राजा भवितुम् अर्हति. गतकालस्य कर्माणि आगामिकालस्य फलानि.
भवती जानाति चेत् सम्यक् एव, परन्तु अत्र गतकालस्य तत्रापि समस्तपदमस्ति. यदि तत्र मिलित्वा भवती सम्यक् उक्तवती, तत्र कोऽपि समस्या नास्ति, कापि समस्या नास्ति. तत्र गतकालः इति तत्र समस्तपदमस्ति इत्युक्ते तत्रापि पृथक् कृत्वा वक्तुमिच्छामश्चेत् तत्र गतस्य कालस्य अपि भवितुम् इत्युक्ते पृथक्तया वदामश्चेत् तत्र प्रत्येकस्य पदस्य विभक्तिः वक्तव्यं, नो चेत् समस्तपदम्. अत्र अस्माकम् अभ्यासपुस्तके केवलं गत वर्षे गतकाले तत्र समस्तपदं कृत्वा एव लिखितमस्ति.
अहं समस्तपदम् इति चिन्तयित्वा उपयोगं कृतवती.
सुन्दरं
गतकालस्य यथा सौन्दर्यं नैसर्गिकप्रदेशे अस्ति तथा अन्यत्र नास्ति. यावत्
इत्युक्ते भवती प्रकृत्याम् अस्ति इति वक्तुम् इच्छति, नैसर्गिक
प्रकृत्यां. तत्र यथा सौन्दर्यं किं पदं भगिनि? प्रकृत्या
प्रकृतिः नेचर् इति वदामः वा?
हा, प्रकृतिः प्रकृत्या इति वदामि चेत् सम्यक् अस्ति वा? यथा सौन्दर्यं
प्राकृतिकसौन्दर्यं भवति वा? सम्यक् भवति प्राकृतिकसौन्दर्यम्.
आं महोदय, प्रकृतिः तत्र तद्धितान्तं पदमस्ति, प्राकृतिक
प्राकृतिक
प्रादेशिकभाषायाम् अस्ति, एतत् प्राकृतिक अस्ति, कन्नडभाषायाम् अस्ति. अतः
प्रकृति इति पदात् प्राकृति प्राकृतिक, तत्र अहं चिन्तयामि तत्र कप्रत्ययम् अपि अस्ति इति अपि ककारं योजयामश्चेत् तत्र अन्यः प्रत्ययः अपि अस्ति. वदतु भगिनि.
यावत् प्रख्यातम् अभिज्ञानशाकुन्तलं तावत् अन्यरूपकाः न. अत्र रूपक इत्युक्ते नाटक इति अर्थेन उपयोगं कृतवती. यावत् प्रख्यातम् अभिज्ञानशाकुन्तलं तावत् अन्यरूपकाः न. वाक्यं सम्यक् अस्ति वा भगिनि?
तत्र नाटकानि एव वदतु भगिनि, सम्यक् इतोपि सम्यक् भवति. तत्र रूपकम् इति वदामश्चेत् तत्र भिन्न अर्थः भवति चेत् भवती किं वक्तुमिच्छति, अन्येषां कृते तत्र समस्या भवति. अतः केवलं नाटकं वदामश्चेत् नाटकमेव अभिज्ञानं नाटकम्.
अत्र पुस्तके दत्तमस्ति वयं नाटकं वदामः किन्तु संस्कृते रूपक एव अस्ति.
ओ अस्ति वा?
अस्ति अस्ति
चेत् सम्यक् सम्यक्.
रूपकाः अन्यरूपकाः न इत्येव वदामि चेत् सम्यक् अस्ति वा? अन्यरूपकाः न
तत्रापि अन्यरूपकाः तत्रापि समस्तपदं कृत्वा भवती उक्तवती, नो चेत् तत्रापि अन्यरूपकाः, नो चेत् अन्ये रूपकाः. तत्र रूपकपदं तत्र रूपक इति शब्दः पुंलिङ्गे अस्ति वा स्त्रीलिङ्गे अस्ति वा वदतु भगिनि.
हा रूपक अहं चिन्तयामि, न जानामि भगिनि.
रूपकं भगिनि अत्र अहं दृष्टवती अतः वदामि. रूपकम् इति दत्तमस्ति. किमर्थं चेत् रूपकम् इत्युक्ते प्ले अथवा ड्रामा इति उक्तमस्ति. नपुंसकलिङ्गे
अस्ति वा? रूपक अन्ये अन्ये रूपकाणि
तत्र पश्यतु भगिनि. अत्र रूपकम् इत्युक्ते प्ले अपि च ड्रामा इति उक्तमस्ति. रूपक इति पदं पुंलिङ्गे अपि अस्ति किन्तु तस्य अर्थः भिन्नः
भिन्नः.
इत्युक्ते अत्र अस्माकं अस्मिन् वाक्ये रूपकम् इति पदं योजयामश्चेत् सम्यक् भवति. इत्युक्ते अहं किम् अत्र किं वक्तुमिच्छामि इत्युक्ते एकमेव पदं नपुंसकलिङ्गे अथवा पुंलिङ्गे अपि भवितुम् अर्हति किन्तु तत्र अर्थभेदः अपि भवितुम् अर्हति कुत्रचित्. किमर्थं चेत् आम्रः इति वदामश्चेत् आम्रवृक्षः आम्रम् इति वदामश्चेत् फलम् तादृशभेदः अस्ति भाषायां.
रूपक रूपसदृश अस्ति मेल् पुल्लिङ्गे रूपसदृश रूपक असुररूपक अत्र दत्तमस्ति. रूपक इति सिमिलर् कैण्ड् पुल्लिङ्गे
पुंलिङ्गे पुंलिङ्गे वदामश्चेत् रूपक कैण्ड् इति वदामः. सम्यक् महोदय. इत्युक्ते अत्र महान् भेदः अस्ति, अत्र अर्थभेदः महान् भेदः अस्ति अत्र रूपकं रूपकः तयोर्मध्ये. वदतु भगिनि.
यावत् कलाप्रदर्शनं भरतनाट्ये अस्ति तावत् अन्यनृत्यरूपाणां नास्ति.
रूपाणां नास्ति यदा कदापि सप्तमी विभक्तिः षष्ठीविभक्तिः दे गो टुगेदर्. अत्र सप्तमी अपि वक्तुं शक्यते अथवा षष्ठी अपि सम्यक् एव.
यावत् कलाप्रदर्शनं भरतनाट्यस्य तावत्
कलाप्रदर्शनम् अस्ति तावत् अन्येषु नास्ति. अस्तु
भवती उक्तवती षष्ठीविभक्ति अपि भवितुम् अर्हति तत्र. यदि अहं षष्ठीविभक्ति उपयुज्य करोमि चेत् सम्यक् अस्ति वा भगिनि? यावत् कलाप्रदर्शनं भरतनाट्यस्य तावत् अन्यनृत्यस्य नास्ति.
तथापि वक्तुं शक्यते. तथापि वक्तुं शक्यते इत्युक्ते तत्र अहं गतसप्ताहे एव अहं ज्ञातवती, इत्युक्ते तत्र भगवद्गीतायां तत्र केचन श्लोकाः सन्ति, तेषु सर्वदा षष्ठी बहुवचनं योजयित्वा विभूतियोगः नाम्ना एकः अध्यायः अस्ति, तस्मिन् अध्याये सर्वदा सप्तमीविभक्तेः स्थाने सर्वदा बहुषु श्लोकेषु षष्ठिविभक्तेः षष्ठिविभक्ते बहुवचनं योजयित्वा तत्र श्लोकाः सन्ति, तथापि समीचीनम् इति अहम् अवगतवती. अस्तु भगिनि,
तावदेव भगिनि.
उत्तमम् उत्तमम्. अनन्तरं भूमा भगिनी वदतु. भगिनि अवाक्यानि सन्ति वा?
हलो,
गतसप्ताहे
अहं भारतदेशात् बाल्टिमोर् नगरं प्राप्तवती. आगामिकाले सर्वे जनाः आनन्देन जीवनं कर्तुम् आनन्देन जीवनं कर्तुं अहम् इच्छामि. सम्यक् वा न?
इत्युक्ते अत्र पुनः तदेव वाक्यं वदतु भगिनि.
आगामिकाले सर्वे जनाः आनन्देन जीवनं कर्तुं
जीवनयापनं कुर्वन्ति इति मम आशा.
मम आशा. ओके, सम्यक्. यावत् अहं गृहकार्यं करोमि तावत् मम पुत्र्याः कार्यालये कार्यं कुर्वन्ति.
मम पुत्री
पुत्री पुत्र्याः
पुत्री तत्र पुत्र्यः तत्र ह्रस्वं
कुर्वन्ति.
भगिनि अत्र पुत्र्यः पुत्र्याः इति वदामश्चेत् पुत्र्यः इति वदामश्चेत् प्रथमा बहुवचनं, पुत्र्याः षष्ठी एकवचनं.
मम पुत्र्याः कार्यालये कार्यं कुर्वन्ति.
अत्र पुत्र्याः न वदामः भगिनि, पुत्र्याः.
पुत्र्याः
इत्युक्ते तत्र दीर्घत्वं नास्ति.
या या नद्यः
नद्यः. उत्तमं, वदतु.
यावत् मम पुत्री पुस्तकानि पठति तावदेव मम सौहित्री अपि पाठं पुस्तकानि पठति. यथा सङ्गीतविद्वान् सङ्गीताभ्यासं करोति तथा तस्य शिष्याः अभ्यासं करणीयम्.
शिष्याः तस्य शिष्याः अभ्यासः
अभ्यासं नपुंसकलिङ्गं नास्ति,
अभ्यासः भगिनि अभ्यासतु.
अस्तु,
किमर्थञ्चित् अत्र अहं यदा कदापि ईमेल् माध्यमेन सर्वे अभ्यासं कुर्वन्तु इति वदामि, इत्युक्ते तत्र कुर्वन्तु तत्र क्रूधातुः सकर्मकः इति
कृत्वा
कर्मपदं सम्भवति, परन्तु किन्तु प्रथमाविभक्त्यन्तरूपम् अभ्यासः एव. इत्युक्ते अत्र किं वदामि इत्युक्ते अत्र प्रत्येकस्य पदस्य अन्ते सुबन्तपदेषु एकः प्रत्ययः अस्ति, परन्तु अधुना वयं न जानीमः सः प्रत्ययः कः, तत्र घञ् प्रत्ययः अस्ति वा अन्यप्रत्ययः अस्ति वा इति वयम् अधुना न जानीमः, परन्तु अग्रे गत्वा वयम् इतोपि व्याकरणविषयान् परिशीलयामश्चेत् इतोपि पठामश्चेत् तदा अस्माकम् अवगमनं सम्यक् भवति. तत्र कः प्रत्ययः अस्ति कथा कथम् इत्युक्ते अत्र उक्तः इति वदामश्चेत् तत्र एकः प्रत्ययः अस्ति, उक्तिः इति वदामश्चेत् तत्र अन्यप्रत्ययः अस्ति. तथा एव अहं पूर्वमपि उक्तवती मित्रः इति वदामश्चेत् सूर्यः, मित्रं इति नपुंसकलिङ्गपदं वदामश्चेत् केवलं सुहृद् फ्रेण्ड् फ्रेण्ड् इति अर्थः. इत्युक्ते अत्र अधुना वयं न जानीमः तत्र कः प्रत्ययः अस्ति, परन्तु भाषा तु सम्यक् रीत्या निर्मिता अस्ति तत्र. इट् इस् अवर् रेस्पान्सिबिलिटि टु नो इट् करेक्ट्लि. तत्र अस्माकम् उत्तरदायित्वम् एव. अत्र प्रत्येकपदं सम्यक् रीत्या निर्मितमस्ति भाषायाम्. उत्तमम्. इत्युक्ते अत्र अभ्यासः इति पदं
तदेव भगिनि.
उत्तमम् उत्तमं भगिनि.
लिङ्गविषये बहु बहु क्लेशः भवति.
आं महोदय, किमर्थमित्युक्ते अत्र संस्कृतभाषायां नियतलिङ्गशब्दाः नियतलिङ्गकशब्दाः इति कानिचन पदानि सन्ति. कानिचन पदानि केवलं स्त्रीलिङ्गे एव भवितुमर्हन्ति, कानिचन पदानि केवलं नपुंसकलिङ्गे एव भवितुमर्हन्ति. कथम् इत्युक्ते ल्युट् ल्युट् प्रत्ययान्तरूपाणि वयं जानीमः, पठनं गमनं चलनं एतानि पदानि ल्युट् प्रत्ययान्तरूपाणि. ल्युट् प्रत्ययान्तरूपाणि सर्वदा नपुंसकलिङ्गे एव भवन्ति, अन्येषु लिङ्गेषु न कदापि भवन्ति. इत्युक्ते नियतलिङ्गशब्दः इत्युक्ते देर् जेण्डर् इस् प्रीडिफैन्ड्. तत्र वि केनाट् क्रियेट् दट् वर्ड् इन् डिफ्रेण्ट् जेण्डर्स्.
गुणस्य गुणमधिकृत्य न भवति वस्तुनः, गुणमधिकृत्य न भवति तस्य वर्ण वर्ण कानिचन शब्दः. अहं पठितवान् कुत्रापि वैफ् अस्य पुल्लिङ्गरूपमपि अस्ति इति.
आं महोदय, इत्युक्ते तत्र तत्र वैफ् इति वदामश्चेत् केवलं पदानि सर्वाणि पदानि स्त्रीलिङ्गे सन्ति इति न तथा न भवति. वैफ् इत्यस्मिन् अर्थे अन्यानि पदानि पुंलिङ्गे अपि भवितुमर्हन्ति.
इदानीन्तनकाले पुल्लिङ्गे भवितुमर्हति,
विस्मयजनकः.
विस्मयजनकः अस्ति. आं महोदय, सम्यक् सम्यक्. तथा एव गते सप्ताहे एव अहं पठितवती तत्र संस्कृतभाषायां तव्यत् प्रत्ययान्तरूपाणि अनियर् प्रत्ययान्तरूपाणि सन्ति, यथा करणीयः करणीयं करणीया. इत्युक्ते तव्यत् प्रत्ययान्तरूपाणि अनियर् प्रत्ययान्तरूपाणि कर्तव्यं कर्तव्या कर्तव्यः तानि तव्यत् वा भवतु अनियर् प्रत्ययः वा भवतु तेषां रूपाणि त्रिषु लिङ्गेषु भवन्ति. किन्तु ल्युट् प्रत्ययान्तरूपाणि केवलं नपुंसकलिङ्गे एव. तथा बहवः नियमाः सन्ति भाषायां, परन्तु सुन्दरी भाषा, उत्तमम्. अनन्तरम् अत्र गीता, धन्यवादः भगिनि. गीताञ्जलि भगिनी वदतु.
आं भगिनि, गतवर्षे अहं संस्कृतभाषया किमपि न वक्तुम् अशक्नवम्. आगामीवर्षे अहं किञ्चित् संस्कृतभाषया सांशंसं वक्तुं शक्ष्यामि.
तत्र अन्यत् पदं किं भगिनि तत्र?
स्पोकन् संस्कृत डिक्षनरि भगिनि, सांशंसं इत्युक्ते एड्वर्ब्, होप्फुलि.
होप्फुलि इत्युक्ते पुनः वदतु पदम्, अहं न जानामि अतः.
सां शं सम् अहं स्पोकन् डिक्षनरि
प्रायशः एव तत्र अर्थे
सां
प्रायशः वा प्रायश प्रायः प्रायशः
पासिब्लि होप्फुलि होप्फुलि
होप्फुलि उत्तमम्
शक्ष्यामि. गतवर्गे अहं णिजन्तरूपं गृहीतवती, आगामीवर्गे तस्य अधिकम् अवगमिष्यामि.
उत्तमम्.
भवती यावत् संस्कृतभाषाम् उपदिशति तावत् अन्य कोऽपि अध्यापकः न पाठयति. मातामही यावत् सर्वे गृहकार्यं करोति तावत् तस्याः पुत्री करोति. यथा हरिशब्दस्य विभक्तिरूपाणि सन्ति तथा अपि मुनिशब्दस्य विभक्तिरूपाणि सन्ति.
सुन्दरम्.
यथा शिशुभ्यः तेषां मातापितरौ पूजयन्ति तथा पुरुषेभ्यः ईश्वरेव पूजयन्ति. सम्यक्.
पुरुषेभ्यः
यथा शिशुभ्यः तेषां मातापितरौ पूजयन्ति.
तत्र शिशुभ्यः किमर्थं?
शिशु
चतुर्थीरूपं, चतुर्थी बहुवचन, चतुर्थी बहुवचनरूपं, किन्तु तत्र चतुर्थी तस्य उपयोगं किमर्थम्?
जैसे बच्चों के लिए, फॉर द फॉर चिल्ड्रन, माता पितरौ आर वर्शिप्ड. जैसे बच्चों के लिए माता, और आई शुड से यथा शिशु, अहम प्रथम बहुवचन अपि सम्यक् वा?
अत्र यथा यथा शिशवः मातापितरौ शिशवः मातापितरौ पूजयन्ति
पूजयन्ति तथा पुरुषाः ईश्वरेव पूजयन्ति.
ईश्वरेव अत्र इत्युक्ते अत्र ईश्वरं तत्र पूजयन्ति इति वदामश्चेत् तत्र कर्मपदं भवति भगिनि. किन्तु प्रथमे वाक्ये पश्यतु, प्रथमे वाक्ये मातापितरौ इति वदति चेदपि सम्यक् एव. किमर्थं चेत् द्वितीयाविभक्तौ द्विवचनं रूपम् अपि मातापितरौ.
अस्तु अस्तु.
अत्रापि
ईश्वरम् एव, ईश्वरमेव इति सम्यक् भगिनि. ईश्वरे ईश्वरम् एव यथा शिशवः तेषां मातापितरौ पूजयन्ति तथा पुरुषाः ईश्वरमेव पूजयन्ति. तावदेव भगिनि.
उत्तमम् उत्तमम्, धन्यवादः. अनन्तरम् अत्र सतीश् महोदय करोतु.
अहम् अत्र नास्मि, सो ऐ हेवन्ट् डन् द होम्वर्क् यत्, ऐ एम् सोरि.
कानिचन वाक्यानि वदतु महोदय.
यावत्तावत् वाक्यं लिखितम् अहं यावत्तावत् वाक्यं लिखितं
श्रावयतु.
ओके. यावत् ट्रम्प् महोदय परिहासपूर्णवादनं करोति तावत् कोऽपि देशस्य नेता न कर्तुम् अर्हति.
यावत्
अहं
वदतु महोदय.
यावत् ट्रम्प् महोदय परिहासपूर्णवादनं करोति तावत् कोऽपि देशस्य नेता न कर्तुम् अर्हति. द्वितीय, यावत् अहं क्लान्तो अस्मि तावत् अहं विश्रामम् एव करोमि. गत एण्ड् आगमि, गतकाले अहं कार्यरता आस्म, आगमिकाले अहं कार्यनिवृत्तो अस्मि. इति एव लिखितम्.
अस्तु महोदय, धन्यवादः. अनन्तरम् अत्र उषा भगिनी वदतु वाक्यानि.
आं भगिनि, यावत् तावत् यावत् हिमालयः भवति तावत् हिन्दुसंस्कृति तिष्ठति. टेस्ला कारयानस्य यावत् मूल्यं तावत् मूल्यं मारुति कारयानस्य नास्ति. यथा तथा यथा श्रेष्ठः आचरति तथा जनाः अपि आचरन्ति. यथा भवती प्रयत्नं करोति तथा फलं प्राप्नोति.
भगिनि, यदा यदा वा तत्र यथा प्रयत्नं करोति तथा फलं मिलति वा?
आं भगिनि, यथा भवती प्रयत्नं करोति तथा फलं प्राप्नोति. यथा बीकेएस् अय्यङ्गार् योगासनं करोति तथा कोऽपि न करोति. गत आगामि, गतदिने सायङ्काले अहं पाकं न कृतवती. गतमासे मम मित्रेण सह नाटकं दृष्टवती. गतवर्षे अहं त्रिवारं यूनिवर्सल् स्टुडियोस् गतवती. मम अपत्यानि मेलितुं गतसप्ताहे अहं सान्फ्रान्सिस्को नगरं गतवती. आगामिवर्षे अहं जर्मनीदेशं गमिष्यामि. आगामिमासे अहं योगासनं कर्तुं षट्वादने उत्थास्यामि. आगामिसप्ताहे स्वर्णस्य हारं क्रेतुम् आपणं गमिष्यामि. आगामिपर्वदिने वयं मन्दिरे गीतापारायणं करिष्यामः.
अस्तु, उत्तमानि वाक्यानि. धन्यवादः. अनन्तरं रघुपत्याचार्य महोदय, भवान् वदतु.
गतसप्ताहे अस्माभिः संस्कृतकक्षायां क्षम्यताम् इत्यस्मिन् विषये चिन्तनं कृतम्. द्वितीयम्, आगामिसप्ताहे अहम् अद्यतनकक्षायाः गृहपाठं कृत्वा आगमिष्यामि. यथा यावत् तावत्, यावत् ज्ञानराशिः संस्कृतभाषायाम् अस्ति तावत् जगति अन्यस्यां भाषायां कुत्रापि नास्ति.
तत्र भाषा इति पदस्य
अन्यासां भाषा
भाषाशब्दस्य षष्ठी बहुवचनं.
षष्ठीबहुवचनम् अन्यासां. यावत्पर्यन्तम् अस्माभिः संस्कृत अभ्यासः न क्रियते तावत्पर्यन्तम् अस्माकं संस्कृतज्ञानं न वर्धते.
सत्यमेव, सत्यम्.
यथा तथा, यथा अस्माकं मनसि चिन्तनं भवति तथा एव अस्माकं व्यवहारः अपि भवति. यथा अहं संस्कृतेन वक्तुम् इच्छामि तथा मया वक्तुं न शक्यते.
अस्तु,
तावदेव.
धन्यवादः
महोदय. अहम् अन्यासाम् इति पदं न अवगच्छामि.
तत्र
अन्यस्य रूपम् अस्ति, अन्य इति अस्य विभक्तिरूपं.
किं विभक्ति अन्य?
तत्र सर्वशब्दं पश्यामश्चेत् सर्वासाम् इति भवति भगिनि. स्त्रीलिङ्गे सर्वशब्दः, अन्यशब्दः, तत्र सर्वनामपदानि, तत्र तेषां रूपाणि त्रिषु लिङ्गेषु भवन्ति. पुंलिङ्गे किं वदामः? सर्वेषाम् इति वदामः, षष्ठीद्विवचनं. किन्तु स्त्रीलिङ्गे सर्वासाम् इति वदामः, तथा एव अन्यशब्दः अपि.
अस्तु, अस्तु
भगिनी. अत्र यावत् जानाति संस्कृतभाषायाम् इति सप्तमी विभक्ति अस्ति न, अतः अन्यास्यां भवति वा, अन्यास्यां भाषायाम् अन्यास्यां भवति सप्तमी विभक्ति कस्य, अन्यासु न बहु एकवचने अन्या कस्यां तस्याम् इति भवति अन्यस्य, अतः एवम् अहं न जानामि अन्यस्याम् इति अन्यस्याम्
अन्यस्यां वा
अन्यस्यां न अन्यस्याम् इति अहं चिन्तयामि, अन्यस्यां भाषायां नास्ति इति.
उत्तमं
भगिनि, अन्यभाषायां
पृथक् कृत्वा वदामश्चेत् अन्यभाषा इति भवति, पृथक् कृत्वा वदामश्चेत् अन्या भाषा इति भवति, तथा एव अन्या भाषा इति तत्र पृथक् पृथक् प्रत्येकं पदस्य सप्तमीरूपं वदामश्चेत् अन्यस्यां भाषायां भवति, नो चेत् अन्यभाषायां तत्र समस्तपदं भवति, तत्र अस्माकं विवक्षा कथमस्ति इति तत्र द्रष्टव्यं, हौ वी वाण्ट् टु प्रेसेण्ट् इट् इति एव अत्र विषयः. उत्तमम्, इतोपि अत्र सर्वे उक्तवन्तः इति भाति. अनन्तरं भवन्तः सर्वे श्रुतवन्तः वा भगवद्गीतायाः श्लोकः वासांसि जीर्णानि, कोऽपि जानाति चेत् वदन्तु. वदतु महोदय.
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि. तस्मात् शरीरान् विहाय जीर्णा नवानि गृह्णाति नरो
अहम् एकवारं पुनः वदामि, तत्रापि तस्मिन् श्लोके अपि यथा तथा उपयोगः अस्ति, परन्तु उत्तमः श्लोकः. वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि, तथा शरीराणि विहाय जीर्णानि अन्यानि अन्यानि संयाति नवानि देही. तत्र तस्मिन् श्लोके देही इति पदमस्ति, देही इति पदम् इनि प्रत्ययान्तरूपं, यस्य यस्मिन् देहः अस्ति सः एव देही. देही किं करोति, यथा देही जीर्णानि वस्त्राणि विहाय इत्युक्ते त्यक्त्वा, अपराणि इत्युक्ते अन्यानि अपराणि नवानि वस्त्राणि गृह्णाति, तथा एव जीर्णानि शरीराणि विहाय इत्युक्ते पुनः अत्र त्यक्त्वा, जीर्णानि शरीराणि त्यक्त्वा अन्यानि नवानि शरीराणि संयाति इत्युक्ते तत्र यथा तथा प्रयोगः अस्ति तत्र तस्मिन् श्लोके, इत्युक्ते एवं रीत्या अत्र शिथिलानि अथवा जीर्णानि शरीराणि त्यक्त्वा देहि इतराणि इत्युक्ते नवीनानि शरीराणि प्राप्नोति अथवा प्रविशति अथवा आश्रयते इति उक्तमस्ति, तस्मिन् अपि यथा तथा प्रयोगः अस्ति. तथा एव गते सप्ताहे अत्र आचार्यमहोदयः उक्तवान् अन्यः श्लोकः यावत् तावत् योजयित्वा, किन्तु तस्मिन् श्लोके तावत् इति पदं न दत्तमस्ति, किन्तु तत्र अध्यारोपितमस्ति तावत् इति पदं, यावत् जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् तदनन्तरं भस्मीभूतदेहस्य पुनरागमनं कुतः इति तत्र श्लोकः अस्ति. इत्युक्ते तस्य चार्वाकवादः इति एकः वादः अस्ति संस्कृतभाषायां, ते सर्वे ईदृशरीत्या एव वदन्ति, इत्युक्ते अत्र ते किं वदन्ति इत्युक्ते, यावत्कालं भवान् जीवितुमिच्छति तावत्पर्यन्तं ऋणं कृत्वा तत्र समस्तविलासयुक्तजीवनयापनं करोतु, तत्र कोऽपि समस्या नास्ति, तथा जीवतु, ऋणं कृत्वा एतत् सर्वं करोतु, ऋणस्य विषये मा चिन्तयतु,
एतत् सर्वं
अग्निवाक्यं
अत्र वदामि महोदय, अत्र एषः धर्मः वा न वा तस्मिन् विषये किमपि मा चिन्तयतु. किमर्थं चेत् तत्र तत्रापि ते तर्कं वदन्ति. देर् इस् ए लाजिक् देर् से वन् लाजिक् देर् लाजिक् किम् इत्युक्ते, तर्कः कः इत्युक्ते, भस्मीभूतदेहस्य पुनरागमनं कुतः इत्युक्ते, एकदा एकवारं देहः भस्मीभूतः भवति तदनन्तरं तस्य पुनरागमनं न भवति एव इति ते वदन्ति. स एव चार्वाकवादः इति वदामः. परन्तु तादृशचिन्तनम् उत्तमं नास्ति इति वयं सर्वे जानीमः. उत्तमम्. तत्र भस्मीभूतदेहस्य पुनरागमनं कुतः इति ते वदन्ति. अस्तु
भगिनि, अत्र देहि इति गीव् इति अस्ति, तस्य रूपं किं भगिनि? भिक्षां देहि इति अस्ति न देहि, तत्र रूपं किं? दा
महोदय, अत्र दाधातोः दाधातोः मध्यमपुरुष एकवचनरूपं लोट् लकारे देहि ह्रस्वैकारः. लोट्लकार मध्यमपुरुष एकवचनरूपं देहि ह्रस्व इकारः. परन्तु तत्र धातुः अस्ति दाधातुः, परन्तु अत्र पदम् अस्ति इनि प्रत्ययान्तरूपं, किन्तु धातुः अस्ति दाहधातुः. इत्युक्ते अत्र दीर्घ देही इति पदं दीर्घ ईकारान्तम् तत्र ईकारान्त इव दृश्यते, परन्तु पदमस्ति नकारान्तपदं देहिन्
देहिन्
देहिन् देहिन् इति पदं नकारान्तपदं, तस्य प्रथमाविभक्तिरूपं देही यथा गुणी त्यागी इति रूपं तथा एव, अथवा नो चेत् विद्यार्थी तथा नकारान्तपदमस्ति देही प्रातिपदिकं देहिन्. किन्तु धातुः भिन्नधातुः दह धातुः, यः दह्यते सः एव देहः इति तत्र निर्वचनमस्ति. इत्युक्ते दह धातुतः दह्यते इति देहः, तदर्थं यस्य यस्मिन् देहः अस्ति सः देही. यस्य यस्मिन् वा तत्र इनि प्रत्ययान्तरूपं मतु प्रत्ययम् अपि च इनि प्रत्ययं तत्र यस्य यस्मिन् इत्यस्मिन् अर्थे तेषाम् उपयोगं कुर्मः. मतु प्रत्ययं वा कथित प्रत्ययं मतु प्रत्ययं यथा बलवान् बलवती मतु प्रत्ययान्तरूपाणि, तथा एव इनि प्रत्ययम् अपि
बलि बलि बलवान्
बलि. उत्तमं. बलि इत्युक्ते यस्य यस्मिन् बलमस्ति सः बलि, तथा एव यस्य यस्मिन् गुणाः सन्ति सः एव गुणी, तथा एव अत्र देही दह धातोः रूपं देही. उत्तमं. किन्तु नकारान्तपदं सम्भवति तत्र देहिन्. उत्तमम्. अधुना वयं अभ्यासपुस्तके अत्र सप्तपञ्चाशत्तमे, सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु, सप्तपञ्चाशत् समे पुटे तत्र एकः नूतनविषयः नूतनं पदं दत्तमस्ति तत्र स्म. तस्मिन् विषये स्म तस्मिन् विषये किञ्चित् वदामि. साधारणतया वयं भूतकालार्थं बोधयितुं संस्कृतभाषायां केचन प्रकाराः सन्ति, तत्र तेषु अन्यतमः अस्ति स्म इति पदस्य उपयोगः. साधारणतया वयं कृदन्तपदानि इत्युक्ते यत् पदं धातुतः निष्पन्नं भवति तस्य नाम अस्ति कृदन्तपदं. कृदन्तपदानि योजयित्वा अपि वयं भूतकालार्थं भूतकालार्थे कृदन्तपदानि सम्भवति. अत्र कृदन्तपदानि इत्युक्ते तावत् तावत् प्रत्ययान्तरूपं वयं पूर्वमेव पठितवन्तः अभ्यासपुस्तके. पठितवान् गतवान् तावत् प्रत्ययान्तरूपाणि योजयित्वा अपि भूतकालार्थं बोधे भूतकालार्थे एव तेषाम् उपयोगं कुर्मः. तत्तु एकः प्रकारकः. अन्यत् प्रकारकः अस्ति लङ्लकारं. लङ्लकारं योजयित्वापि वयं भूतकालार्थं रूपं वदामः. अपि च अत्र स्म इति पदस्य योजनेन अपि भूतकालार्थम् एव स्म इति पदं प्रतिपादयति. इत्युक्ते अत्र यद्यपि अत्र पदं लट्लकारे अस्ति, पदस्य अन्ते केवलं स्म इति योजनेन तत्र भूतकालार्थम्
अस्ति
सम्भवति. भूतकालार्थः बोधितः भवति अत्र. इत्युक्ते अत्र वयं पूर्वमेव पठितवन्तः तस्मिन् विषये. अधुना किञ्चित् शीघ्रम् अभ्यासं कुर्मः अत्र. अत्र भूमा भगिनी भवती पठतु अत्र.
स्म सुन्दरेशः बन्धुगृहं गत्वा आगतवान्. तत्र कः कः किं करोति स्म इति सः मातरं वदति.
अत्र बालकस्य नाम किम्?
बालकस्य नाम सुन्दरेशः.
सः कुत्र गतवान्?
बन्धुगृहं गतवान्.
अत्र बन्धुगृहम् इति अपि समस्तपदम्. अत्र व्यस्तपदं कृत्वा वदामश्चेत्
बन्धूनां गृहम्.
उत्तमम्. इत्युक्ते अत्र बन्धोः एकवचने वदामश्चेत् बन्धोः गृहं. अत्र षष्ठीतत्पुरुषसमासः अस्ति, परन्तु समासः लुप्तः भवति अत्र. केवलं समस्तपदम् इति एव दत्तमस्ति. सः एकदा सुन्दरेशः बन्धोः गृहं गतवान्. गत्वा पुनरागत्य स्वगृहम् आगत्य तत्र मातरं वदति. अत्र मातरं विभक्तिः वदतु भगिनी, विभक्तिं वदतु.
मातरं द्वितीया विभक्ति. एकवचनम्.
एकवचनम्. उत्तमम्. ऋकारान्तपदम्. अपि च ऋकारान्तपदम् इत्युक्ते अत्र पश्यन्तु वाक्ये करोति स्म इति दत्तमस्ति. सः तत्र बन्धुगृहे तत्र मातामहः, मातामही, मातुलः, मातुलानि ते सर्वे सन्ति. सुन्दरेशः तेषां सम्यक् परिशील्य पुनः गृहम् आगत्य मातरं वदन् आसीत् अत्र. किं वदति सः? अधुना चिन्तयति तत्र कः कः किं करोति स्म इति सः चिन्तयित्वा अधुना अष्ट इति भाति चित्राणि सन्ति, तेषाम् उपयोगं तानि चित्राणि सम्यक् परिशील्य अत्र अष्टवाक्यानि रचनीयानि. करोतु भगिनि.
मातामहः ध्यानं करोति स्म. मातुलानि पाकं करोति स्म. मातुलः पूजां करोति स्म. रमा शिशुं पालयति स्म.
पालयति स्म अथवा लालयति स्म.
ओके.
सम्यक् सम्यक्.
सुधा पाठं पठति स्म. पुस्तकं पठति स्म.
पाठम् अथवा पुस्तकं, पुस्तकं पठति स्म.
रमेशः क्रीडति स्म. नीला मार्जनं करोति स्म.
अत्र भगिनी वदतु एकवारं, वदतु मातामहः इत्युक्ते कः?
मातामहः मातुः माता.
मातामहः.
मातामहः मातुः पिता.
मातामही.
मातामही मातुः माता.
मातुलः.
मातुलः मातुः भ्राता
मातुलानि
मातुलानि मातुलस्य पत्नी
किं वदामः मातुः
मातुः भ्रातुः पत्नी
षष्ठीरूपं मातुः भ्रातुः पत्नी मातुः भ्रातुः पत्नी इत्युक्ते एते सर्वे बान्धवाः तत्र बन्धुगृहे सन्ति अनन्तरं इतोपि वाक्यानि सन्ति वा अत्र
मातामही माता मही बोधयति पुत्रं बोधयति स्म
मातामही सम्बोधयति
सम्बोधयति
अत्र अत्र एका बालिका मार्जयति स्म
मार्जयति
केन मार्ज कया मार्जयति
सम्मार्जनं
पदं वदतु तत्र पदं किम्
सम्मार्जनी अस्ति
मार्जनं करोति मार्जनी मार्जनी
वाक्यं वदतु भगिनि सम्मार्जनी इति पदमस्ति सम्मार्जनी इति योजयित्वा वदतु पूर्णं वाक्यं वदतु
बालिका सम्मार्जन्या सम्मार्जन्या मार्जनं करोति स्म
सम्मार्जन्या मार्जनं करोति स्म अनन्तरम् अत्र एकः बालकः निद्रां करोति स्म अत्र निद्रां करो शयनं करोति उत्तमं शयनं करोति अथवा किं वदामः अन्यत् पदं योजयित्वा शेते इति पदमस्ति आत्मनेपदी शेते स्म
शेते स्म
तत्र निद्रां करोति शयनं करोति तत्र निद्रां करोति इति वदामश्चेत् निद्रा इति पदम् आकारान्तपदं तत्र स्त्रीलिङ्गपदं निद्रां तत्र द्वितीयाविभक्त्यन्त रूपं शयनं करोति शयनम् इति पदं ल्युडन्तपदं शिङ् धातोः शयनं किन्तु केवलं लट्लकाररूपं शेते इति शिङ् धातोः शेते इति रूपं लट्लकार एकवचन प्रथमपुरुषरूपम् अस्ति उत्तमं इतोपि अत्र किं दत्तमस्ति अत्र तावदेव इत्युक्ते अत्र किञ्चित् इतोपि स्म इत्यस्मिन् विषये किञ्चित् अभ्यासं कुर्मः अधुना अत्र गीताञ्जलि भगिनी अहं धन्यवादः भगिनी भूमा भगिनी गीताञ्जलि भगिनी भवती किञ्चित् वदति वा अत्र कांश्चन प्रश्नान् पृच्छामि गते सप्ताहे भवती किं करोति स्म
गते सप्ताहे अहं संस्कृतभाषां पठति स्म
उत्तमं गते वर्षे भवती किं पठति स्म
गते वर्षे अहं योगविद्यां पठति स्म
उत्तमम् अपि च गते मासे वयम् अभ्यासपुस्तकात् कं पाठं पठति स्म पठन्ति स्म
गत
किमपि तत्र सम्यक् वा न इति किमपि केवलम् अभ्यासार्थं
गतमासे अहं यथा तथा पाठं पठति स्म
उत्तमम् इत्युक्ते अत्र किं वदामि इत्युक्ते
अत्र पठामि स्म अस्ति वा
अहं पठामि स्म
अहं पठामि स्म
पठामि स्म. अहं गतवर्षे अहं योगविद्यां पठामि स्म इति
पठामि स्म
पठामि
इत्युक्ते इत्युक्ते केवलं वयं सर्वे अत्र लट्लकाररूपं स्वीकृत्य तत्र केवलं प्रथमपुरुषे वा मध्यमपुरुषे वा उत्तमपुरुषे वा तत्र त्रिषु वचनेषु अपि केवलं स्म इति योजनेन तत्र तत् पदं भूतकालार्थं बोधयति. यथा पठति स्म, पठतः स्म, पठन्ति स्म इति रूपाणि. इत्युक्ते यद्यपि क्रियापदं लट्लकारे अस्ति केवलं स्म योजनेन लङ्लकाररूपं सिद्ध्यति. अपि च त्रिषु वचनेषु भवति, त्रिषु पुरुषेषु अपि भवितुम् अर्हति. उत्तमम्. अनन्तरम् अधुना वयम् एकां कथां पठामः. तस्यां कथायां तत्र
भगिनि एकः प्रश्नः, क्षम्यतां, क्षम्यै. स्म इति पदं निरञ्जनमहोदय वदति इति पदं यदि पुनः पुनः किञ्चित् कार्यं करोति स्म तदैव स्म उपयोगं समीचीनं. किन्तु यदि केवलम् एकवारं किमपि कार्यं करोति स्म तत्र स्म समीचीनं नास्ति इति वक्तुं.
सम्यक् एव. इत्युक्ते अत्र आङ्ग्लभाषायां किं वदामः, यूस् टु डु, ऐ यूस् टु डु इत्यस्मिन् अर्थे तत्र बहुवारं कुर्मः चेत् तत्र स्म इति प्रयोगः भवति. किन्तु अत्र केवलं भूतकालार्थे एव तस्य उपयोगं कुर्मः. यद्भवती उक्तवती तत् सम्यक् एव. ऐ यूस् टु डु दिस्, ऐ यूस् टु इत्यस्मिन् अर्थे भवति. उत्तमं, सम्यक्. अनन्तरम् अत्र कथा अस्ति. एकवारं कथां पठामः. अत्र शोभा भगिनी आरम्भं करोतु.
आम्. पूर्वं कश्चन गुरुः आसीत्. बहवः शिष्याः आसन् तस्य. तस्य उपदेशं श्रोतुं जनाः सुदूरात् अपि प्रदेशात् आगच्छन्ति स्म. तस्य देशस्य राजा अपि तादृशेषु अन्यतमः. राजकार्ये बहुधा व्यापृतः अपि सः कथश्चित् विरामं सम्पाद्य तदा तदा तस्य गुरोः आश्रमम् आगत्य तदीयम् उपदेशं सश्रद्धं शृणोति स्म. आश्रमे तस्य व्यवहारः
इत्युक्ते भगिनि अत्र स्थगयतु, किञ्चित् चिन्तनं कुर्मः. अत्र पूर्वस्मिन् तत्र परिच्छेदे तत्र किमस्ति इति किञ्चित् चिन्तनं कुर्मः. अत्र किं दत्तमस्ति, पूर्वं कश्चन गुरुः आसीत्, तस्य नाम किम् इति न उक्तमस्ति अत्र, परन्तु एकः गुरुः अस्ति. परन्तु तस्य बहवः शिष्याः आसन् तस्य. इत्युक्ते अत्र अहम् एकं वदामि, यदा कदापि अत्र वाक्ये सर्वाणि पदानि इतस्ततः भवन्ति चेत् तत्र अर्थः सम्यक् भवति एव. इत्युक्ते साधारणतया किं वदामः, एकः गुरुः आसीत्, तस्य बहवः शिष्याः आसन् इति साधारणतया वयं वदामः. परन्तु अत्र किं दत्तमस्ति, बहवः शिष्याः आसन् तस्य इति उक्तमस्ति. किन्तु तत्र अर्थः सम्यक् एव. इत्युक्ते संस्कृतभाषायां यावत्पर्यन्तं तत्र पदानां विभक्तयः सन्ति तत्र अस्माकं कृते कोऽपि क्लेशः नास्ति. इत्युक्ते अर्थः सम्यक् अर्थबोधः भवति. परन्तु किमर्थम् इत्युक्ते पदस्य प्रत्येकस्य पदस्य विभक्तिः अस्ति. विभक्तिं दृष्ट्वा वयम् अवगन्तुं शक्नुमः पदानि इतस्ततः भवन्ति चेदपि तस्य अर्थबोधः जायते. वि केन् ईज़िलि अण्डर्स्टाण्ड् द वर्ड्स् ईवन् द वर्ड्स् आर् नाट् अरेञ्ज्ड् इन् द रैट् वे.
क्रमशः नास्ति,
क्रमशः न सन्ति चेत् न सन्ति चेदपि तत्र अर्थबोधः भवति. तथा एव अत्र अस्मिन् वाक्ये बहवः शिष्याः आसन् तस्य. तृतीयं वाक्यमस्ति, तस्य उपदेशं श्रोतुं जनाः सुदूरात् अपि प्रदेशात् आगच्छन्ति स्म. अस्माकं विषयः आगच्छन्ति स्म. अत्र आगच्छन्ति स्म इति पदं तत्र तस्मिन् स्थाने अन्यत् पदं योजयित्वा वदतु वाक्यम्.
आगच्छन्ति आगच्छन्ति वर्तमानकाले किमपि पदमस्ति तत् पदेन स्म अस्ति चेत् भवती किम् उक्तवती स्म योजयित्वा करोमि अथवा
न भगिनि? अत्र आगच्छन्ति स्म इति पदम् इति अस्ति. आगच्छन्ति स्म इति भूतकालार्थे अस्ति. अन्यत् पदं किमपि अन्यत् पदं योजयित्वा
किमपि आगच्छन्ति स्म आगच्छन् स्म आगच्छन्
आगच्छन् तत्र स्म इति अथवा आगतवन्तः
आगतवन्तः
इति अपि समीचीनम्. अत्र अस्मिन् पदे अस्मिन् वाक्ये कर्मपदं किम्?
कर्मपदम् उपदेशं श्रोतुं.
तत्र कर्मपदं किम्?
श्रोतुम् उपदेशमपि
अत्र पश्यतु अत्र पश्यतु अस्मिन् वाक्ये पुनः पृच्छामि, अस्मिन् वाक्ये कर्मपदं किम्?
अस्मिन् वाक्ये श्रोतुं कर्मपदम् अस्ति वा भगिनि?
न भगिनि. अत्र उषा भगिनी वदतु अत्र अस्मिन् वाक्ये कर्मपदं किम्?
उपदेशं.
उपदेशम् इति कर्मपदं किमर्थम् इत्युक्ते तत्र किमर्थं भवती एव वदतु भगिनि उषा भगिनी.
उपदेशं श्रोतुं टु हियर् हिस्
इत्युक्ते अत्र कथं वक्तव्यम् इत्युक्ते श्रोतुम् इति पदं तुमुन्नन्तं पदं
यत्र क्रियापदम्
तुमुन् इत्युक्ते तत्र श्रुधातोः तुमुन्नन्तं रूपं श्रोतुम् इति रूपमस्ति. यत्र कुत्रापि तत्र तुमुन्नन्तं पदमस्ति चेत् तुमुन्नन्तं पदं क्रियापदम् इव कार्यं करोति. क्त्वान्तपदम् अस्ति चेदपि कर्मपदं सम्भवति, ल्यबन्तपदमस्ति चेदपि कर्मपदं सम्भवति, तुमुन्नन्तं पदमपि अस्ति चेदपि तस्मिन् वाक्ये कर्मपदं सम्भवति. इत्युक्ते श्रोतुम् इति पदस्य कृते कर्मपदम् उपदेशम् इत्युक्ते तत्र यद्यपि श्रोतुम् इति पदं तिङ्गन्तपदं नास्ति किं नास्ति चेदपि कृदन्तपदं श्रोतुम् इति पदं कृदन्तपदम् इत्युक्ते धातुतः आगतं पदं तुमुन्नन्तं पदं क्रियापदम् इव कार्यं करोति. लैक् ए वर्ब् कार्यं करोति. अतः तत्र पदमस्ति उपदेशः इति प्रथमान्तं रूपम् उपदेशं श्रोतुम् अपि च सुदूरात् प्रदेशात् आगच्छन्ति स्म जनाः. तस्य देशस्य राजा अपि तादृशेषु अन्यतमः इत्युक्ते किं भगिनि?
राजा अपि तादृशेषु अन्यतमः अन्यतमः इत्युक्ते अन्यवत् राजा अपि तादृशेषु अत्र यादृशेषु जनाः कुर्वन्ति तादृशेषु राजा अपि करोति.
इत्युक्ते बहवः जनाः आगच्छन्ति स्म तेषु तादृशेषु जनेषु
तादृशेषु जनेषु
एषः एकः एषः अन्यतमः एषः इत्युक्ते एषः राजा अन्यतमः अत्र पूर्वस्मिन् वाक्ये इतोपि किं पदमस्ति अत्र उपदिशति इति पदं कुत्र अस्ति अत्र
उपदेशम्
उपदेशम् अग्रे गत्वा तादृशेषु राजा अन्यतमः राज्यकार्ये बहुधा व्यापृतः अत्र बहुधा इति पदमस्ति बहुधा इत्युक्ते भवती किम् अवगतवती बहुधा इत्युक्ते
बहुधा बहु समये अथवा तस्य बहवः समयः राजकार्ये व्यतीतम् अस्ति
उत्तमम् उत्तमम् इत्युक्ते अत्र बहुधा तत्र बहु अहं कानिचन पदानि वदामि किञ्चित् वदामि अत्र संस्कृतभाषायां पदानि ईदृशानि पदानि कानिचन पदानि सन्ति द्विधा त्रिधा शतधा सहस्रधा बहुधा तादृशानि पदानि सन्ति इत्युक्ते बहुधा इत्युक्ते इन् मेनि वेस् द्विधा इत्युक्ते इन् टु वेस् शतधा मीन्स् इन् सहस्रधा इति वदामश्चेत् थौसण्ड्स् आफ़् वेस् तादृशरीत्या पदानि सन्ति द्विधा त्रिधा शतधा सहस्रधा परन्तु अत्र बहुधा राजा इति कृत्वा सः बहुधा व्यापृतः इत्युक्ते अत्र व्यस्तः अन्यत् पदमस्ति व्यस्तः इत्युक्ते बिज़ि यथा भवती उक्तवती व्यतीतः तदपि समीचीनं
व्यापृतः इत्युक्ते आवृतः इति शब्दवत् व्याप्
इत्युक्ते अत्र पदं कथं निष्पन्नं भवति इति चिन्तयामश्चेत् अत्र उपसर्गाः सन्ति वि उपसर्गः तत्र कथान्तरूपं किन्तु कथान्तरूपं व्यापृतः तत्र अर्थः अस्ति निरतः अथवा व्यस्तः इत्युक्ते एङ्गेज्ड् बिज़ि व्यापृतः इत्यस्मिन् अर्थे तत्र अपि च राजकार्ये सः बहुधा व्यापृतः सः राजा बहुधा व्यापृतः कथञ्चित् अत्र पश्यतु भगिनी कथञ्चित् कथं लिखितमस्ति
कथञ्चित् कथं लिखितमस्ति इत्युक्ते
इत्युक्ते अत्र वदतु महोदय
अनुस्वारस्य यै परसवर्णे कथञ्चित् चकारस्य चकारस्य अनुनासिकवर्णः अस्ति
सुन्दरं सुन्दरं तदेव अहं श्रोतुमिच्छामि भूमा भगिनी वदतु
चकारस्य अनुस्वारं
सुन्दरं उत्तमं चवर्गी अन्तिमव्यञ्जनं लिखितमस्ति अनुस्वारस्य स्थाने चवर्गीय अन्तिमव्यञ्जनं लिखितमस्ति किमर्थं चेत् तत्र सन्धेः नाम परसवर्णसन्धिः यथा महोदयः उक्तवान् अनुस्वारस्य ययी परसवर्णः इति तत्र सूत्रमस्ति तेन अत्र अनुस्वारस्य स्थाने ञकारः आगतः अनन्तरम् अत्र कथञ्चित् विरामं सम्पाद्य अत्र विरामं सम्पाद्य तदा तस्य गुरोः आश्रमम् आगत्य तदीयम् उपदेशं सश्रद्धं शृणोति स्म अत्र पश्यतु भगिनि अस्मिन् वाक्ये कर्मपदं किम्
राज अपि सः विरामं सम्पाद्य तदा तस्य गुरोः आश्रमम् आगत्य तदीयम् उपदेशं संश्रद्धं शृणोति स्म तत्र विरामम् आश्रमम् उपदेशं सश्रद्धं कर्मपदानि सन्ति तदीय इत्युक्ते तदीयः तदीया तदीयं त्रिषु लिङ्गेषु भवति.
सुन्दरं भगिनि,
तत्तु कर्मपदमेव.
अत्र कर्मपदं नास्ति,
नपुंसकपदं.
नपुंसकलिङ्गपदं,
नपुंसकलिङ्गपदम्
उत्तमम्. अत्र पश्यतु, अत्र विरामम् इति भवती सुन्दररीत्या उक्तवती, तत्र सर्वं सम्यक् एव. अत्र सम्पाद्य इति पदं कस्मिन् विषये वदतु?
सम्पाद्य लेप् पदं लेबन्तपदम् अस्ति. विरामं सम्पाद्य राजः विरामं किञ्चित् विरामं सम्पादयति. अनन्तरं सम्यक् नास्ति वा भगिनि?
सुन्दरं, तदेव तदेव. अत्र
सम्पादयति,
सम्पादयति लट्लकाररूपं सम्पादयति, तस्य ल्यबन्तरूपं सम्पाद्य. ल्यबन्तरूपम् अपि कर्मपदं स्वीकरोति इति कृत्वा अत्र विरामं, तत्र पदमस्ति विरामः. विरामः पदस्य तत्र कर्मपदं द्वितीयाविभक्त्यन्तरूपं विरामं सम्पाद्य एकं कर्मपदम्. अपि च आश्रमम् आगत्य,
लेबन्तपदं
सुन्दरम्. उपदेशं शृणोति स्म, अत्र उपदेशम् इति पदम् अपि कर्मपदम्. अपि च सश्रद्धं, सश्रद्धम् इति पदं क्रियाविशेषणं.
तत्र सा उपसर्ग अस्ति वा? श्रद्धं,
सा उपसर्ग, उपसर्गः इत्युक्ते सश्रद्धम् इत्युक्ते अत्र श्रद्धेन न वदामः, सम्यक् वदतु अत्र पदं.
श्रद्धेन, श्रद्धया,
सुन्दरं,
श्रद्धया, श्रद्धया,
श्रद्धया, श्रद्धया, श्रद्धया सः उपदेशं शृणोति स्म. अत्र तदीयं, तदीयमत्रापि
प्रश्नः भगिनि. श्रद्धा स्त्रीलिङ्गे अस्ति खलु? तत्र उपसर्ग योजयामः चेत् श्रद्धं कथं भवति?
भवति इति भाति भगिनि, सश्रद्धम् इति अत्र दत्तमस्ति. किन्तु
अन्यत्र श्रद्धां भवति, तत्र उपसर्ग अस्ति इति कृत्वा सश्रद्धं भवति वा?
अत्र यथा भवती उक्तवती, श्रद्धा इति पदम् आकारान्तपदं, श्रद्धाम् इति द्वितीयान्तं रूपम् अस्ति, परन्तु अत्र सश्रद्धम् इति दत्तमस्ति. उपदेशं सश्रद्धम् इत्युक्ते अहं चिन्तयामि अत्र सश्रद्धम् इति पदम् उपदेशशब्दस्य विशेषणमपि भवति वा इति चिन्तनीयम्. कोऽपि अन्यः वदति वा अत्र? महोदय, भवान् किं चिन्तयति? आचार्यमहोदय, सश्रद्धं
न जानामि भगिनि. सश्रद्धम्
अहं चिन्तयामि,
दृष्टवान् पूर्वं, परन्तु सश्रद्धम् इति नपुंसकलिङ्गे भवति न इति भावार्थकः भवति वा?
क्षमता महोदय,
तत् भावार्थे नपुंसकलिङ्गे यथा गमनं किमपि अस्ति तस्य कृदन्तरूपम् अस्ति न नपुंसकलिङ्गे एव भवति.
अग्रे गत्वा चिन्तनं कुर्मः, अत्र स्थगयामः.
अत्र वदामि वा भगिनि, तत्र सश्रद्धः राजा इत्युक्ते राजस्य विशेषणं सश्रद्धः भवति वा?
ओ अस्तु, सश्रद्धं शृणोति स्म राजा शब्दस्य
विशेषणं.
राजशब्दस्य विशेषणं न भवति भगिनी, किमर्थम्
अत्र अस्मिन् वाक्ये न भवति, किन्तु मम प्रश्नः आसीत् उपदेशं पदस्य विशेषणं नास्ति इति अहं चिन्तयामि.
अत्र अहम् एकं वदामि, अत्र वाक्यं पश्यतु, सरलवाक्यं, लघुवाक्यं स्वीकुर्मः चेत् सः शृणोति स्म. तद् अत्र बहूनि पदानि सन्ति वाक्ये, किन्तु अत्र वाक्यस्य अन्ततो गत्वा अत्र केवलं लघुवाक्यं स्वीकृत्य चिन्तनं कुर्मः चेत् सः इत्युक्ते अत्र कः? राजा. राजा शृणोति स्म इति वाक्यं भवति, किन्तु सश्रद्धम् इति पदं राजापदस्य विशेषणं न भवति. क्रियाविशेषणं कथं शृणोति स्म? सश्रद्धं शृणोति स्म. अत्र चिन्तनीयं भगिनि. अग्रे गत्वा धन्यवादः भगिनि. अनन्तरम् अत्र भूमा भगिनी भवती पठतु, वदतु भगिनि.
एकं वदामि, व्यापृतः इति पदं विशेषणमस्ति, सः व्यापृतः, राजा
व्यापृतः, राजा व्यापृतः, राजा व्यस्तः, राजा निरतः,
विशेषणं भवति,
विशेषणं. किन्तु कृतान्तरूपं, साधारणतया कृतान्तरूपाणि विशेषणानि भवन्ति.
एतत् विशेषणमस्ति भगिनि, शब्दम् अस्ति, विशेषणमस्ति अतः स्पोकन् संस्कृत् मध्ये, अतः त्रिशिलिङ्गेषु भवितुम् अर्हति इति चिन्ता. विशेषणमस्ति,
विशेषणमस्ति अस्ति चेत् तत्र उपदेशम् इति पदस्य विशेषणं भवितुम् अर्हति,
अर्हति
न तु राजाशब्दस्य.
राजस्य नास्ति उपदेशं, सुशुद्धम् अस्तु.
अस्तु अग्रे गच्छामः. अनन्तरम् अत्र भूमा भगिनी भवती पठति वा द्वितीयपरिच्छेदम्?
आम्, आश्रमे तस्य व्यवहारः सामान्यानाम् इव एव भवति स्म. आश्रमे अल्पमपि राजदर्पम् अप्रदर्शयन् सः यथाशक्ति गुरोः सेवां करोति स्म. अतः तस्मिन् गुरोः प्रीतिः अपि अधिका आसीत्.
अत्र किं दत्तमस्ति? आश्रमे तस्य व्यवहारः सामान्यानाम् इव एव भवति स्म. कस्य व्यवहारः?
राजस्य, राजानां.
सम्यक् वदतु भगिनि, किं वदामः तत्र? राज्ञः,
राजानः, राज्ञः
षष्टि एकवचनं.
राज्ञः
तस्य राज्ञः व्यवहारः सामान्यानाम् इव एव भवति स्म. अत्र सामान्यानां विभक्तिः का भगिनि?
षष्टि विभक्ति बहुवचनं,
बहुवचनं. आश्रमे अल्पम् अपि राजदर्पम् अप्रदर्शयन् सः यथाशक्ति गुरोः सेवां करोति स्म. अत्र राजदर्पम्, अत्र राजदर्पः इत्युक्ते भवती किम् अवगतवती?
राजदर्पः राजानां, राजानां अनेक बहु
अत्र दर्पः इत्युक्ते
अहङ्कारः,
अहङ्कारः अथवा गर्वः, अथवा उद्धतिः इति वदामः. अत्र आङ्ग्लभाषायां वदामश्चेत् एरोगेन्स्, एरोगेन्स् इति वदामः, नो चेत् अत्र गर्वः. सः राजा अल्पमपि राजदर्पम् अप्रदर्शयन्, अप्रदर्शयन् वदतु भगिनि पदं किं?
दर्श दातु, दृश् दातु, उपसर्गः, दर्शयन् हान्तप्रत्ययः,
गीताञ्जलि भगिनी वदतु, गीताञ्जलि भगिनी.
भगिनि अहम् इति चिन्तयामि शत्रप्रत्यय रूपम् अस्ति, सेवां करोति इति द्वितीय क्रिया दत्तं,
द्वे कार्यं भवति, तदनन्तरं शत्रुप्रत्ययप्रयोजित्वा अर्हति.
उत्तमम्. इत्युक्ते अत्र अप्रदर्शयन् इति पदं शत्रन्तरूपम् अस्ति, किन्तु अत्र आ इति उपसर्गः नास्ति, नकारात्मक अर्थे आ इति योजितमस्ति. इत्युक्ते सा कदापि सः राजा न कदापि राजदर्पं प्रदर्शितवान्, अप्रदर्शयन् इत्युक्ते न प्रदर्शितवान्. अपि च सः सर्वदा गुरोः सेवां करोति स्म. अत्र गुरोः सेवा इति व्यस्तरूपा व्यस्तरूपेण लिखितमस्ति, किन्तु गुरुसेवा इति अपि भवति. अत्र विभक्तिं त्यजामश्चेत् किं भवति, गुरुसेवां करोति स्म. गुरुसेवा इति पदं पदस्य व्यस्तप्रयोगं कुर्मः चेत् गुरोः सेवा इति भवति. सः राजा करोति स्म. अपि च यथाशक्ति करोति स्म. अतः तेन किम् अभवत्?
गुरोः
अत्र पश्यन्तु, सर्वदा सप्तमी विभक्तेः उपयोगम् ईदृशरीत्या एव कुर्मः. इत्युक्ते तस्मिन् प्रीतिः आसीत्, तत्र प्रीतिः, आदरः, स्नेहः, प्रेम एतानि पदानि योजयित्वा वदामश्चेत् तत्र सप्तमी विभक्तेः उपयोगं कुर्मः. संस्कृतभाषायां स एकः नियमः अस्ति, तस्मिन् प्रीतिः अस्ति, तस्मिन् मम आदरः अस्ति, तस्मिन् मम प्रेम अस्ति, तथा एव वक्तव्यम्. तस्मिन् सप्तमी विभक्तेः रूपं. सः सर्वदा सेवां करोति स्म, तदर्थं तस्मिन् गुरोः प्रीतिः अधिका आसीत्. उत्तमम्. अनन्तरं गीताञ्जलि भगिनी भवती पठतु.
आं भगिनि. बहवः शिष्याः एतत् न असहन्त. राजा उपायेन गुरुं वशीकृतवान् अस्ति. गुरुः अपि राजत्वकारणतः तस्मिन् अधिकां प्रीतिं दर्शयति इति परस्परम् अवदन्ते. एतानि वचनानि गुरुणा अपि श्रुतानि.
उत्तमम्. इत्युक्ते अत्र बहवः शिष्याः एतत् न असहन्त रूपं वदतु भगिनि. न असहन्त,
न असहन्त, असहन्त लङ्लकार बहुवचन सः धातु इत्युक्ते ते न स्वीकृतवन्तः.
सुन्दरं. ते न स्वीकृतवन्तः. सुन्दरं भगिनि. इत्युक्ते शिष्याः न असहन्त. अत्र असहन्त यथा भवती उक्तवती लङ् रूपं बहुवचनं, किन्तु धातोः रूपाणि वदतु किञ्चित्. सह धातोः
सह धातु सह
लट् प्रथमतया लट् रूपाणि वदतु, अनन्तरं लङ् रूपाणि वदामः.
लट् लट् सहति
सहते
सहते आत्मनेपदि आत्मनेपदि सहते सहेते सहन्ते लट् लट् रूपाणि लङ् लङ् रूपाणि असहन्त असहन्त असहेताम् असहन्त.
पुनः वदतु एकवारम्.
असहन्त असहेताम् असहन्त.
शोभा भगिनी किञ्चित् समीकरोतु.
असहन्त
असहत असहत
असहत
असहत
असहेताम् असहन्त
सुन्दरं सुन्दररीत्या उक्तवती अधुना सम्यक् अत्र बहवः शिष्याः एतत् न असहन्त राजा उपायेन गुरुं वशीकृतवान् अस्ति वशीकरोति वयं जानीमः वशीकरोति राजा उपायेन गुरुं वशीकृतवान् अस्ति गुरुः अपि राजत्वकारणतः तस्मिन् अधिकां प्रीतिं दर्शयति अत्रापि पश्यन्तु तस्मिन् प्रीतिः तस्मिन् अधिकां प्रीतिं दर्शयति इति परस्परम् अवदन्ते अवदन् रूपं वदतु भगिनि
अवदन् अवदन् अपि च लङ्लकाररूपं बहुवचन आम् बहुवचन अवदत् अवदताम् अवदन्
के के अवदन् अत्र ते अवदन् इति उक्तवान् अस्ति के अवदन्
के अवदन् शिष्याः अवदन्
किम् अवदन्
राजा उपायेन गुरुं वशीकृतवान् अस्ति गुरुः अपि राजत्वकारणतः तस्मिन् अधिकां प्रीतिं दर्शयति इति अवदन्
इति ते उक्तवन्तः अग्रिमं वाक्यं पश्यतु एतानि वचनानि गुरुणा अपि श्रुतानि अत्र प्रयोगः कः
एतानि वाक्यानि गुरुणा गुरुणा इत्युक्ते तृतीया अपि श्रुतानि अपि च श्रुतानि लोट्लकार एकवचनं अस्ति भगिनि
भगिनि अत्र पश्यतु अस्तु इत्युक्ते भगिनि मम प्रश्नः कः इत्युक्ते अत्र प्रयोगः कः इति मम प्रश्नः प्रयोगः इत्युक्ते संस्कृतभाषायां कर्तरिप्रयोगः कर्मणि प्रयोगः भावे प्रयोगः इति त्रयः सन्ति अत्र मम प्रश्नः अस्ति प्रयोगः कः वाक्यप्रयोगः
कर्मणि प्रयोगः भगिनि
कर्मणि वाक्यं चिन्ता मास्तु भगिनि केवलं वयं सर्वे मिलित्वा चिन्तनं कुर्मः तदेव तावदेव अत्र गुरुणा गुरुणा वाक्यानि गुरुणा वचनानि श्रुतानि इति वाक्यं गुरुणा वाक्यानि श्रुतानि अत्र श्रुतानि इति पदं क्तान्तरूपं भवती जानाति एव किन्तु श्रुधातुः सकर्मकधातुः इति कृत्वा सकर्मकप्रयोगः भवति अतः एव अत्र वाक्यं कर्मणि प्रयोगे अस्ति कर्मणि प्रयोगे अस्ति किमर्थमित्युक्ते सकर्मकधातुः अस्ति इति कृत्वा अतः वाक्य वचनानि गुरुणा श्रुतानि इति वाक्यमस्ति उत्तमम् अनन्तरम् उषा भगिनी भवती पठतु अग्रिमपरिच्छेदम्
अथ एकदा गुरोः उपदेशः यदा प्रचलन् आसीत् तदा अकस्मात् झञ्झावतः समुत्पन्नः आकाशः कृष्णमेघैः आवृतः जातः एतत् लक्षितवान् गुरुः सर्वान् अवदत् चण्डमारुतः प्रबलः भवेत् इति भासते भवन्तः सर्वे झटिति इतः निर्गत्य स्वस्य स्ववस्तुतनः च रक्षणं चिन्तयन्तु अविलम्बेन इति
उत्तमम् अथ एकदा गुरोः उपदेशः यदा प्रचलन् आसीत् तदा अकस्मात् झञ्झावातः समुत्पन्नः अत्र प्रचलन् वदतु भगिनि
प्रचलन् आसीत् प्रचलन् शत्रुप्रत्ययन्तरूपम् अस्ति भगिनि
लट् रूपं किं
प्रचलति
सुन्दरं सुन्दरं गुरोः उपदेशः तत्रापि समस्तपदं कृत्वा वदामश्चेत् गुरु उपदेशः इति भवति किन्तु अत्र व्यस्तप्रयोगः किमर्थं चेत् तत्र कथा बालमोदिनी कथा अस्ति अतः अत्र समस्तपदं यावत् शक्यं तावत्पर्यन्तं ते व्यस्तप्रयोगम् एव कृत्वा ते कथां लिखितवन्तः अतः गुरु उपदेशः इति पदमस्ति. वयं पूर्वमेव जानीमः यदा तदा प्रयोगः, यदा उपदेशः प्रचलन् आसीत् अत्र पश्यन्तु अत्र शतन्त्रप्रयोगम् इत्युक्ते केवलं वर्तमानार्थे इति न वर्तमानार्थे एव भवति इति न चिन्तयामः, न चिन्तनीयं. किमर्थं चेत् अत्र अत्र भूतकालार्थे अपि भवितुम् अर्हति. प्रचलन् आसीत् यदा प्रचलन् उपदेशः प्रचलन् आसीत्, उपदेशः इति पदस्य विशेषणं प्रचलन् शत्रन्तपदम् अपि विशेषणं भवति. कस्य विशेषणम्? उपदेशः. उपदेशः प्रचलन् आसीत् तदा किम् अभवत्? अकस्मात् झञ्झावातः समुत्पन्नः. झञ्झावातः इत्युक्ते किं भगिनि?
झञ्झावातः
अत्र वातः इत्युक्ते कोऽपि जानाति वा वातः इत्युक्ते सुन्दरं आं भगिनि वायुः सैक्लोन् उत्तमम् इत्युक्ते वायलेण्ट् विण्डि स्ट्राम् अथवा वातः इत्युक्ते वायुः इत्युक्ते महावायुः नो चेत् व्यस्तप्रयोगं कुर्मः चेत् महान् वायुः स एव झञ्झावातः. समुत्पन्नः इति पदमपि शान्तरूपं सम उपसर्गपूर्वकः उत् उपसर्गपूर्वकः पद् धातुः अपि च कृतान्तरूपं पद् धातोः कृतान्तरूपं पन्न इति भवति. समुत्पन्न समुत्पन्नः इत्युक्ते आरब्धः अथवा उत्पन्नः नो चेत् आगतः नो चेत् आपतितः इत्यपि वक्तुं शक्नुमः. झञ्झावातः समुत्पन्नः. अग्रिमवाक्यं पठ
कृष्णमेघैः आवृतः जातः. आकाशे कृष्ण क्लौड्स् ब्लाक् क्लौड् लैक् आकाशः कृष्णमेघैः आवृतः जातः सप्रत्ययान्तरूपमस्ति. आकाशः कृष्णमेघैः आवृतः जातः
सुन्दरं आवृतः आवृतः आकाशः आवृतः
जातः
अत्र वदतु भगिनि.
पुंलिङ्गे अस्ति भगिनि जातः जाता जातम्
अत्र किन्तु अत्र जन् धातुतः जातः इति रूपम् आगतं क्रान्तरूपं किन्तु अकर्मकधातुः जन् धातुः. अत्र कृष्णमेघैः तत्र वदतु रूपं वदतु.
कृष्णमेघैः तृतीयाविभक्ति बहुवचने अस्ति. कृष्णमेघः कृष्णमेघैः तृतीयाविभक्ति बहुवचने अस्ति.
इत्युक्ते कैः कैः आवृतः? मेघैः आवृतः. किम् आवृतः इत्युक्ते आकाशः आवृतः. उत्तमम्. अनन्तरम् एतत् लक्षितवान् वदतु भगिनि.
भगिनी आवृतः अन्यपदम् पूर्ण
आवृतः इत्युक्ते किं वदामः?
पूर्णतया
पूर्णतया आवृणोति. आवृणोति इत्युक्ते आवरणं करोति. आवृणोति इत्यस्मिन् अर्थे तत्र आ उपसर्गपूर्वकः तथा एव भवति. आवृणोति वयं जानीमः आवरणं वातावरणं वात इत्युक्ते वायुः आवरणं वातावरणम् इति पदं जानीमः तदा एव आगतं तत्पदम्. अत्र आवृतः इत्युक्ते सम्पूर्णतया आवृणोति. इतोपि किं भवति? एतत् लक्षितवान् गुरुः सर्वान् अवदत्. अत्र वद् धातुः सकर्मकधातुः इति कृत्वा सर्वान् अवदत् इति दत्तमस्ति. अत्र उषा भगिनी भवती वदतु अत्र लक्षितवान् इत्युक्ते किम्?
एतत् लक्षितवान् गुरुः सर्वान् अवदत्. एतत् लक्षितवान् न जानामि भगिनि, लक्षितवान्,
कोऽपि वदति वा?
दृष्टवान्.
सुन्दरम्. इत्युक्ते अत्र गुरुः अवलोकितवान् अथवा गुरुः समीक्षितवान्, ईक्षितवान् यथा दृष्टवान्, समीक्षितवान् अथवा सः भावितवान्, नो चेत् सः ज्ञातवान्. किं ज्ञातवान्, किम् अवलोकितवान् गुरुः, किम् अवलोकितवान् इत्युक्ते वदतु भगिनि.
चण्डमारुतः प्रबलः भवेत् इति भासते.
भासते इति सामान्यं पदं भास् धातुः अत्र आत्मनेपदिरूपं भासते, भासेते, भासन्ते. चण्डमारुतः प्रबलः भवेत् वदतु भगिनि. विधिलिङ्ग. उत्तमं. भवेत् इति भासते. भासते इति आत्मनेपदिरूपम् इति अपि
भगिनी भाषते अपि च भासते, द्वे धातु अस्ति, भास् अपि च भाष.
आं भगिनि, द्वे अपि स्तः. अत्र भाषते परन्तु अत्र दत्तमस्ति भासते, सकारः, दन्त्यसकारः. किन्तु यथा गीताञ्जलि भगिनी उक्तवती, भाषते इति अपि रूपम् अस्ति. इत्युक्ते संस्कृतभाषायाम् एकः अन्यः धातुः अपि अस्ति, भाति इति, भाति इति अपि वक्तुं शक्नुमः. चण्डमारुतः भवेत् इति भाति,
दीर्घ
ऐ थिङ्क् इति मन्ये. भाति. आं भगिनि, दीर्घ आकारः भाति.
ह्रस्वैकारः.
भाति, भासते, अहं मन्ये, मन्यते. तत्रापि दिवादिगणीयधातुः अस्ति, मन्ये इति अपि वक्तुं शक्नुमः. भवन्तः सर्वे झटिति इतः निर्गत्य स्वस्य स्ववस्तुनः च रक्षणं चिन्तयन्तु अविलम्बेन इति दत्तमस्ति. झटिति इत्युक्ते किं भगिनि?
शीघ्रं, लैक्
शीघ्रम्
इतः निर्गत्य स्वस्य स्ववस्तुतनः च रक्षणं चिन्तयन्तु.
निर्गत्य रूपं वदतु.
निर्गत्य ल्यप् प्रत्यय अस्ति.
लट् रूपं वदतु तस्य.
लट् निर्गति.
कोऽपि वदतु. शोभा भगिनी प्रयत्नं करोतु.
निर्गमति.
निर्गमनं ल्युडन्त् रूपं, परन्तु
निर्गच्छति
एव
गम् धातोः निर्गच्छति.
इत्युक्ते निरूपसर्गपूर्वकः गम् धातुः, गम् लृ धातुः तत्र, किन्तु लौकिकधातुः गम् तत्र निर्गच्छति इति, तस्य ल्यबन्तरूपं निर्गत्य. अपि च भगिनी उषा भगिनी अत्र पश्यतु, स्ववस्तुनः रक्षणं, अत्र स्ववस्तुनः रूपं वदतु.
वस्तुनः स्ववस्तुनः च लैक् देर् बिलाङ्गिङ्ग् स्ववस्तुतः.
अत्र रूपं वदतु, विभक्तिं वदतु.
वस्तुतनः च रक्षणं.
गीताञ्जलि भगिनी वदतु.
वस्तुनः षष्टी एकवचनं भगिनि.
किमर्थं किमर्थं
नपुंसकलिङ्ग्? वस्तूनि
वस्तून् प्रातिपदिकम् अस्ति वा भगिनि?
अत्र प्रातिपदिकम् अस्ति नपुंसकलिङ्गपदं वस्तु इति प्रातिपदिकमस्ति, नपुंसकलिङ्गपदमस्ति. यथा गीताञ्जलि भगिनी उक्तवती, वस्तुनः षष्टि एकवचनं, किन्तु अत्र षष्टि एकवचनं किमर्थम्?
स्वस्य
अत्र अहं वदामि, कोऽपि जानाति चेत् वदन्तु, नो चेत् वदामि. अत्र आचार्यमहोदय वदति वा भवान्?
वस्तु अपि जन सर्वपद पदवत् अस्ति वा भगिनि बहुवचने?
उकारान्त नपुंसकलिङ्ग.
उकारान्तपदं नपुंसकलिङ्गपदम् एकवचने षष्टिविभक्तौ. अत्र स्ववस्तुनः इति दत्तमस्ति. किमर्थं चेत् तत्र रक्षणम् इति पदं ल्युडन्तपदं, तत्र रक्षणम् इति अस्ति इति कृत्वा तत्र षष्टिविभक्तेः उपयोगं कुर्मः. पाठस्य पठनं, वस्तुनः रक्षणं, तथा इत्युक्ते अत्र ल्युडन्तरूपात् पूर्वं षष्टिविभक्तेः उपयोगम् उपयोगः भवति, तथा लेखनीयं. वस्तुनः रक्षणं, स्ववस्तुनः
उपसर्गः अस्ति न भगिनि?
स्व उपसर्गः अस्ति. स्ववस्तुनः रक्षणम् अविलम्बेन, अत्र विलम्बेन इत्युक्ते वदतु भगिनि.
भगिनी किमर्थं ल्युडन्तपदम् अस्ति चेत् षष्टि एकवचन उपयोग
अत्र अत्र साधारणतया कथं वदामः? पाठस्य पठनं तथा तथा भवति. पठनम् इति पदं ल्युडन्तपदं,
भावार्थे एकवचने एव भवति इति किमपि अस्ति. भावे एकवचने अस्ति भावे प्रयोगः.
इतोपि वाक्यानि वदामश्चेत् सम्यक् अवगमनं भवति. पाठस्य पठनं, अनन्तरम्
अध्यायस्य अध्ययनं,
अध्यायस्य अध्ययनं,
क्रीडस्य क्रीडनं, तृतीया भवति क्रीडायाः क्रीडनं,
क्रीडायाः क्रीडायाः इति भवति. अनन्तरम् अत्र अनन्तरम् अत्र अविलम्बेन इति तृतीयान्तं वयं जानीमः. इत्युक्ते विलम्बं विलम्बेन विना, अविलम्बेन विलम्बेन विना इति वदामः. अग्रिमं शीघ्रं समापयामः. अधुना पुनः शोभा भगिनी भवती करोतु.
एतत् श्रुत्वा सर्वे झटिति उत्थाय ततः निर्गतः. अचिरात् एव आश्रमपरिसरः रिक्तः जातः. तथापि महाराजः तु स्वस्थाने एव उपविष्टः आसीत् अविचलतया.
अविचलतया
भगिनि.
इत्युक्ते अत्र एतत् एतत् सर्वं श्रुत्वा सर्वे झटिति, तत्र झञ्झावातः भवति, अतः सर्वे स्वस्य वस्तूनां रक्षणं वस्तुनः रक्षणं कुर्वन्तु इति यथा यदा गुरुः उक्तवान् तदा सर्वे किं कृतवन्तः? सर्वे एतत् सर्वं श्रुत्वा झटिति उत्थाय, वदतु,
भीतः जातः. अतः सर्वे झटिति उत्थाय, उत्थाय लभन्त पदम् उत्थाय
लभन्तं,
लभन्तं ततः ततः निर्गतः.
तत्र भगिनि अत्र उत्थाय इति पदस्य लट् रूपं वदतु.
उत्तिष्ठ
अत्र रूपं वदतु. सर्वे
सर्वे वाक्यं रचन्ति. एतत् श्रुत्वा सर्वे झटिति उत्तिष्ठवन्तः,
उत्थितवन्तः
उत्थितवन्तः उत्थितवन्तः. आं भगिनि,
उत्तमम्. उत्थितवन्तः अत्र सर्वे एकवारम् अत्र चिन्तयन्तु. अहं चिन्तयामि अत्र एतत् श्रुत्वा सर्वे झटिति उत्थाय ततः निर्गतः इति दत्तमस्ति, परन्तु अहं चिन्तयामि निर्गताः इति बहुवचनरूपम् अस्ति चेत् सम्यक् भवति इति मम चिन्तनं. सर्वे इति दत्तमस्ति, न न सर्वे इति बहुवचनरूपम् बहुवचनरूपम् इति कृत्वा निर्गताः इति इत्युक्ते कृतान्तरूपं सर्वे पदस्य विशेषणम् निर्गतः इति पदं सर्वे शब्दस्य विशेषणम् इति कृत्वा तत्र निर्गताः इति अस्ति चेत् सम्यक् इति अहं चिन्तयामि किमपि अत्र अचिरात् इत्युक्ते किं भगिनि
अचिरात् इत्युक्ते चिरात् पदस्य विरुद्धपदम् अस्ति चिरात् इत्युक्ते बहुकालानन्तरम् अचिरात् इत्युक्ते अतिशीघ्रं
शीघ्रम् अथवा पूर्वस्मिन् वाक्ये झटिति इति दत्तमस्ति शीघ्रं ते किं कृतवन्तः अचिरात् एव आश्रमपरिसरः रिक्तः जातः परिसरः रिक्तः जातः अत्र परिसरः इति पदस्य विशेषणानि रिक्तः जातः रिक्तः अपि क्तान्तरूपं जातः अपि क्तान्तरूपं तथापि महाराजः तु स्वस्थाने एव उपविष्टः आसीत् अत्र पश्यन्तु अत्र एकं वदामि अत्र उपविष्टः इति अपि क्तान्तरूपम् अस्ति साधारणतया वयं जानीमः सन्धयः कुत्र कुत्र भवन्ति इत्युक्ते पदनिर्माणसमये अपि सन्धयः भवन्ति अत्र विष् धातोः क्तान्तरूपं विष्ट तत्र ष्टुनाष्टुः इति सूत्रं कार्यं करोति पदनिर्माणसमये अपि सन्धयः कार्याणि कुर्वन्ति इत्युक्ते अत्र ष्टुनाष्टुः इति सन्धिकार्यं कृत्वा अत्र विष् धातोः क्तान्तरूपं विष्ट इति भवति उपविशति इत्यस्मात् उपविष्टः इति रूपम् आगतम् अविचलतया इति रूपम् अस्ति भगिनि तस्य प्रथमान्तरूपं किम्
विचलति अविचलति विचलति इत्युक्ते कन्फ्यूस्ड् अथवा अजिटेटेड् अविचलतया अविचलति इत्युक्ते विरुद्धपदमस्ति राजः किञ्चिदपि चिन्ता न कृतवान् अविचलतया
अत्र भगिनि अत्र विभक्तिः का
विचलत तृतीया विभक्ति
प्रथमान्तरूपं किम्
अविचल तया अस्ति चेत् दीर्घ आकार अन्तः अस्ति अविचलता
अविचलता उत्तमं भगिनि धन्यवादः आचार्यमहोदय भवान् करोतु अग्रिमं परिच्छेदं
किमर्थं भवता न गतं किं भवान् आत्मरक्षणे न आसक्तः भवदीयानि वस्तूनि किं रक्षणीयानि न सन्ति इति अपृच्छत् गुरुः आचार्य किमर्थं भवता आत्मरक्षणाय प्रयासः न कृतः इति अपृच्छत् राजा
अत्र प्रथमं वाक्यं भवता न किमर्थं भवता न गतम् अत्र प्रयोगः कः
कर्मणि प्रयोगः अस्ति भवता तृतीयविभक्ति न गतम् इति गतम् अक्तान्तरूपम् अस्ति गतं भवता न
गतम् क्तान्तरूपं अपि च सकर्मकधातुः इति कृत्वा कर्मण्यर्थे वाक्यमस्ति अपि च किं भवान् आत्मरक्षणे न आसक्तः अत्र पश्यन्तु आसक्तः इति पदमस्ति अपि च आसक्तिः इति पदमपि अस्ति आसक्तः इति पदं क्तान्तरूपम् आसक्तिः इति पदं क्तिन् प्रत्ययान्तरूपम् क्तिन् यथा
मतिः
आसक्तिः इति पदमपि अस्ति भवान् आत्मरक्षणे न आसक्तः भवदीयानि वस्तूनि किं रक्षणीयानि न सन्ति अत्र रक्षणीयानि इति पदं तस्मिन् विषये वदतु महोदय
रक्षणीयानि भवदीयानि रक्षणीयानि वस्तूनि रक्षणीयानि रक्षणीयानि वस्तूनि रक्षणीयानि
प्रयोगः कः
अत्रापि भवदीयानि कर्मणि अस्ति वस्तूनि किं रक्षणीयानि
इत्युक्ते अत्र किञ्चित् महोदय अत्र किञ्चित् प्रतिध्वनिः अस्ति अतः
मम किञ्चित् इयर्फोन् मध्ये किञ्चित् क्लेशः अस्ति
अस्तु अत्र भव रक्षणीयानि इति पदम् अनियर् प्रत्ययान्तरूपं रक्षणीय इति प्रातिपदिकं रक्षणीयानि इति रूपम् अस्ति किन्तु अनियर् प्रत्ययः सर्वदा कर्मण्यर्थे एव सम्भवति भवदीयानि इति पदस्य विशेषणं वस्तूनि इति पदस्य विशेषणं भवदीयानि अपि च रक्षणीयानि परन्तु अत्र अस्मिन् वाक्ये कर्तृपदं न दत्तमस्ति तृतीयान्तं रूपं न दत्तमस्ति परन्तु अध्यारोपणं कृत्वा वयं वक्तुं शक्नुमः कैः रक्षणीयानि किमपि तत्र तृतीयान्तं रूपं न दत्तमस्ति किन्तु वाक्यं भवता भवता वा अथवा भवद्भिः वा नो चेत् सर्वैः वा किमपि किन्तु अनियर् रूपम् अस्ति चेत् तत्रापि कर्मण्यर्थे वाक्यं सम्भवति वस्तूनि रक्षणीयानि परन्तु केन कैः इति न उक्तम् इति अपृच्छत् गुरुः अनन्तरम् आचार्य किमर्थं भवता आत्मरक्षणाय प्रयासः न कृतः इति राजा सः पुनः पृच्छति गुरुं पृच्छति इत्युक्ते अत्र प्रयासः न कृतः अत्र प्रयासः इति पदस्य विशेषणं कृतः कृतान्तरूपं वदतु महोदय अनन्तरम् अग्रिमपरिच्छेदमपि पठतु
वत्स अहमस्मि सन्यासी सर्वसङ्गप्रत्यागी परित्यागी शरणं गतं रक्षिष्यति भगवान् एव इत्यत्र विश्वासः मम अहमपि भवन्तं शरणं गतः अस्मि यत्र यथा भवान् तत्र तथैव अहं मदीयम् इति किमपि नास्ति यद्यद् अस्ति तत्सर्वं भगवतः एव अतः कस्य रक्षणं चिन्त्येत मया इति अपृच्छत् राजा
अत्र पश्यतु महोदय अहमस्मि संन्यासी संन्यासी इति पदस्य विषये वदतु महोदय रूपं किम्
अहमस्मि संन्यासी संन्यासी
अत्र प्रातिपदिकं किम्
न जानामि संन्यासी
वदतु भगिनि
संन्यासिन् संन्यासी
नकारान्तपदं
संन्यासी
संन्यासी प्रथमान्तरूपं संन्यासी प्रातिपदिकं संन्यासिन् नकारान्तपदं तथा एव सर्वसङ्गपरित्यागी अत्र समस्तपदमस्ति किन्तु त्यागी त्यागिन् नकारान्त
भगिनि अत्र वयं संन्यासी इति वदामः वा संन्यासी इत्युक्ते न उच्चारणं भवति संन्यासी अस्तु भगिनि
इत्युक्ते तत्रापि सम् इति उपसर्गः अस्ति अनन्तरम् अत्र प्रथमतया उपसर्गः अस्ति तदनन्तरं धातुः अस्ति अनन्तरम् अहं चिन्तयामि इनि प्रत्ययः अस्ति इति भूत्वा तत्र पुनः प्रातिपदिकम् आगतं प्रातिपदिकं किम् इत्युक्ते तत्र संन्यासिन् इति प्रातिपदिकम् आगतं तेन प्रथमान्तं रूपम् आगतं संन्यासी एव सम्यक् रूपं तत्र अर्थः तु उत्तमः अर्थः अस्ति तत्र तादृशरीत्या एव लेखनीयम् अपि च वक्तव्यं शरणं गतं रक्षिष्यति कः रक्षिष्यति शरणं गतः
भगवान्
रक्षिष्यति तत्र इत्यत्र तत्र सन्देशः नाम किं महोदय
इत्यत्र यणसन्धि अस्ति
यणसन्धिः इत्यत्र इत्युक्ते शरणं गतः रक्षिष्यति भगवान् इति एव मम विश्वासः इत्यत्र मम विश्वासः अस्ति अग्रिमपरिच्छेदं पठतु महोदय
अहमपि भवन्तं शरणं गतः अस्मि यत्र यथा भवान् तत्र तथैव अहं मदीयम् इति किमपि नास्ति, यद्यद् अस्ति तत्सर्वं भगवतः एव, अतः कस्य रक्षणं चिन्त्येत मया इति
अत्र अस्मिन् वाक्ये मदीयम् इति पदमस्ति, यथा भवदीयं तदीयं तादृशरीत्या मम इत्यस्मिन् अर्थे तदीयं तदीयमित्युक्ते तस्य इत्यस्मिन् अर्थे, मदीयमित्युक्ते मम अर्थे, यद्यदस्ति तत्र सन्देहः नाम किं महोदय, पदविच्छेदं करोतु.
यत् अस्ति, यत् 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 अस्ति अस्ति, अतः अत्र यत् जलञ्जसन्ति अस्ति,
यद्यत् अस्ति तत्सर्वं भगवतः. विभक्तिः का?
षष्ठी विभक्ति भगवतः.
प्रथमान्तरूपं किं?
भगवान्.
भगवान् चिन्त्येत मया इति रूपम् अस्ति अत्र, कर्मण्यर्थे वाक्यमस्ति, चिन्त्येत रूपं वदतु महोदय.
इति चिन्त्ये तस्य रक्षणं चिन्त्येत, चिन्त्येत मया, चिन्त्येत चिन्त्येत
आत्मनेपदी वदति,
वदतु भगिनी, गीताञ्जलि भगिनी वदतु.
अहं मन्यते
भगिनी अत्र पश्यतु, अहं मन्ये,
अहं
मन्ये,
यथा ईक्षेत तथा चिन्तयेत, विधि एकवचनं.
अहं चिन्तयामि अत्र चिन्त्येत इति पदं वयं साधारणतया जानीमः, चिन्त धातुतः चिन्तयति इति रूपम् अस्ति, परन्तु कर्मण्यर्थे चिन्त्यते, परन्तु अत्र चिन्त्यते इति पदस्य लङ् रूपं चिन्त्येत, कर्मणि लङ् इति अहं चिन्तयामि.
लङ् अस्ति वा भगिनि? अत्र क्षम्यताम् इति पदस्य उपयोगं नास्ति वा? यत् चिन्त्येत मया चिन्त्येत,
द्रष्टव्यम् इत्युक्ते अहं चिन्तितवती परन्तु सम्यक् दृष्ट्वा एव वक्तुं शक्नोमि. चिन्त्येत इति अहं चिन्तयामि, लङ् कर्मणि लङ् इति अहं चिन्तयामि. किमर्थं चेत् मया चिन्त्येत इति दत्तमस्ति, मया चिन्त्येत इत्युक्ते अत्र किं वदति सः राजा, किं वदति, किं पृच्छति इत्युक्ते, अहमपि भवन्तं शरणं गतः अस्मि अधुना, अतः यथा भवान् अत्र स्थितवान् तथैव अहमपि अस्मि, अपि च मदीयम् इति किमपि नास्ति, यद्यदस्ति तत्सर्वं भगवतः एव, अतः कस्य रक्षणं चिन्त्येत. ओ इत्युक्ते अत्र विदिलिङ्ग् भवति वा? द्रष्टव्यं. गीताञ्जलि भगिनी दृष्टवती वा भवती?
अहं मम चार्ट् पश्यामि भगिनि, ईक्षेत इति दत्तं विधिलिङ्ग् आत्मनेपदी, ईक्षेत चिन्तयेत.
अत्र चिन्त्येत
चिन्त्यते इति यक् प्रत्ययस्य एतत् कर्मणि अस्ति वा? कर्मणि
कर्मणि
लङ्गरूपं न भवितुम् अर्हति भगिनि.
कर्मणि लङ्गरूपं यथा देवः वन्द्यते अस्ति चेत् तेन वन्द्यते अस्ति, तत्र कर्मणि भवति इति अहं चिन्तयामि.
कर्मणि
चिन्त्येत
चिन्त्येते इति पदमस्ति, तथा भवति. अनन्तरम् अग्रे गत्वा गीताञ्जलि भगिनी भवती समापयतु, अग्रिमपरिच्छेदं पठतु.
आं भगिनि, दिनद्वयानन्तरं परिसरः शान्तः जातः, सर्वे शिष्याः आश्रमं प्रत्यागताः, तदा गुरुः प्रवृत्तं सर्वं विवृत्य अवदत् राजा सन् अपि एषः विरक्तः यथा चिन्त्यते तथैव आचार्यते एतेन अतः एव एतस्मिन् विशेषप्रीतिः मम इति
इत्युक्ते वदतु भगिनि अत्र दिनद्वयानन्तरं परिसरः शान्तः जातः अतः अत्र शान्तः इति पदमपि कृतान्तरूपं शम् इति पदस्य कृतान्तरूपं शान्तः जातः अनन्तरं सर्वे शिष्याः आश्रमं प्रत्यागताः अत्र पश्यन्तु प्रति इति पदमस्ति चेत् तत्र द्वितीयाविभक्तिः सम्भवति आश्रमं प्रत्यागताः अत्र प्रति अपि च आगत इति अपि अत्र गम् धातुः सकर्मकः इति कृत्वा सर्वे शिष्याः पुनः आश्रमं प्रति आगतवन्तः तदनन्तरं गुरुः प्रवृत्तं सर्वं विवृत्य भगिनी वदतु विवृत्य इत्यस्मिन् विषये
सदा गुरुं प्रवृत्तं सर्वं अहं किन्तु
विवृणोति इत्यस्मिन् विषये अहं विवरणं करोति अवदत् अपि च सः इतोपि वदति राजा सन् अपि एषः विरक्तः विरक्तः अत्र पश्यन्तु रागः रागः रक्तिः तस्मात् तत्र अत्र विरुद्धार्थकपदं विरक्तः इत्युक्ते प्रत्येकः आसक्तिः नास्ति इत्युक्ते राजा सन् अपि अत्र सन् इति पदम् अस् धातोः सत्रन्तरूपम् अस् धातुः वयं जानीमः अस् धातोः अस्ति इति पदस्य सत्रन्तरूपं सन् प्रथमाविभक्ति एकवचनं राजा सन् अपि राजा इति पदस्य विशेषणं सन् एषः राजा किन्तु विरक्तः यथा चिन्त्यते तथैव आचर्यते एतेन अत्र पश्यन्तु वाक्यं कर्मण्यर्थे अस्ति एतेन आचर्यते एतेन चिन्त्यते एषः यादृशचिन्तनं करोति तादृशी एव आचरणं करोति अतः एव तस्मात् कारणात् एतस्मिन् मम विशेषप्रीतिः इति गुरुः उक्तवान् अग्रे गत्वा पठतु भगिनि गीताञ्जलि भगिनि
स्वस्य व्यवहारस्य असातरां स्मरन्तः सर्वे शिष्याः अवनतशिरस्काः जाताः सः
भगिनि अत्र पश्यतु असारताम् अत्र सारत असारत असारत इत्युक्ते किम्
असारत अहं न जानामि असारत
असारत इत्युक्ते अत्र वयम् अहं पूर्वमेव उक्तवती तल् प्रत्ययः किन्तु अत्र असारत इत्युक्ते अयोग्यता अथवा अनौचित्यम् अन्ये सर्वे शिष्याः किं कुर्वन्ति अन्ये सर्वे शिष्याः स्वस्य व्यवहारस्य असारतां स्मरन्तः असारतां स्मरन्तः इत्युक्ते तेषाम् अयोग्यताम् अवगतवन्तः स्वस्य व्यवहार सर्वे तत्र झटिति यदा झञ्झावातः आगतः तदा सर्वे ततः निर्गच्छन्ति परन्तु राजा एव तत्र तिष्ठति केवलं तदर्थम् सर्वे शिष्याः स्वस्य व्यवहारं दृष्ट्वा तेषाम् अयोग्यताम् अवगतवन्तः स्मरन्तः रूपं वदतु भगिनि
स्मरन्तः तु भगिनी बहुवचन
न उषा भगिनी वदतु अत्र शोभा भगिनी कोऽपि
किं महोदय किं वदति
शतं बहुवचनमस्ति
शत्रन्तरूपं बहुवचनम् अत्र शिष्याः इति पदस्य विशेषणं किन्तु शत्रन्तरूपं बहुवचनं शिष्याः स्मरन्तः सर्वे शिष्याः स्मरन्तः किं स्मरन्तः व्यवहारस्य असारतां स्मरन्तः चत्रन्तरूपम् अस्ति चेदपि कर्मपदं सम्भवति असारताम् इति कर्मपदं स्मरन्तः चत्रन्तद्विवचनं बहुवचनं सर्वे शिष्याः असारतां स्मरन्तः किं कृतवन्तः अवनतशिरस्काः जाताः इत्युक्ते किं भगिनि
हेड् डौन्
उत्तमम् अत्र अत्र अवनतशिरस्कः कोऽपि जानति चेत् वदन्तु अत्र अवनतशिरस्कः इत्यस्मिन् विषये बहुव्रीहिसमासः अस्ति इत्युक्ते अत्र अव उपसर्गपूर्वकः नम् धातोः रूपं नत क्तान्तरूपं नम् धातोः क्तान्तरूपं नत अत्र किं वदामः अन्यपदार्थप्राधान्यमस्ति बहुव्रीहिसमासः इति वदन्ति इत्युक्ते अवनतशिरस्काः यथा भवती उक्तवती द बेण्ड् देर् हेड्स् डौन् अवनतशिरस्काः जाताः शिष्याः अत्र पश्यन्तु सर्वाणि पदानि विशेषणानि शिष्याः इति पदस्य विशेषणानि स्मरन्तः अवनतशिरस्काः जाताः एतानि किन्तु अत्र अवनतशिरस्कः इति पदमस्ति अत्र बहुव्रीहिसमासः इति वदामः सः राजा एव वदतु भगिनि सः कः
सः राजा एव मिथिलाधिपतिः ज्ञानी जनकः
सुन्दरं सः एव ज्ञानी जनकः अत्र ज्ञानी इति पदमपि इनि प्रत्ययान्तरूपं यस्य यस्मिन् ज्ञानमस्ति सः एव ज्ञानी अत्र ज्ञानी इति पदमपि नकारान्तपदं ज्ञानिन् प्रथमान्तरूपं ज्ञानी सः एव जनकः जनकमहाराज राजः तदर्थमेव सीतायाः नाम
जानकी
अधुना वयं जनकमहाराजस्य विषये एकं नूतनं विषयं ज्ञातवन्तः धन्यवादः सर्वेषाम् अधुना कालातीतः अभवत् पुनः एकवारं धन्यवादः
धन्यवादः
धन्यवादः भगिनि नमस्कारः
नमस्कारः
कथा सम्यक् आसीत् भगिनि धन्यवादः